सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं कुर्मः। भगिनी श्लोकान् स्मारयतु।
ॐ श्रीगुरुभ्यो नमः। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन थौदागिरः पुंसा संविमलै शब्दवारिभिः समश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलि पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। श्रीगुरुभ्यो नमः। धन्यवादः भगिनि।
धन्यवादाः। अष्टाध्याय्यां प्रत्ययः प्रक्रिया च समग्रदृष्टिः इति विषयः पठ्यमानः अस्ति। तं विषयम् आधारीकृत्य अभ्यासः प्रवर्तमानः अस्ति। पूर्वतनेषु वर्गेषु केषाञ्चन धातूनां रूपाणि लटीरूपाणि अपि च कानिचन कृदन्तरूपाणि साधितवन्तः। प्रक्रिया किञ्चित् अवगता एव। प्रक्रिया कीदृशी अस्ति इति आदौ ज्ञातव्यम्। सार्वधातुकप्रक्रिया वा अर्धधातुकप्रक्रिया वा इति स्पष्टतया मनसि स्यात्। प्रत्येकस्यां दशायाम् अथवा प्रत्येकस्मिन् स्तरे प्रत्ययः कीदृशः अस्ति, धातुः कीदृशः अथवा अङ्गं कीदृशम् अस्ति इति अवश्यं द्रष्टव्यम्। प्रत्ययस्य स्वभावम् आश्रित्य प्रत्येकस्मिन् स्तरे भिन्नभिन्न अङ्गकार्याणि भवन्ति। अतः प्रत्येकस्मिन् स्तरे प्रत्ययस्य स्वभावः कः इति स्पष्टतया ज्ञातव्यम्। प्रत्ययस्य स्वभावम् आश्रित्य कार्याणि भवन्ति। सार्वधातुकप्रक्रिया अस्ति चेत् सः धातुः कस्मिन् गणे अस्ति इति आदौ प्रक्रियायाः पूर्वमेव धातुः कस्मिन् गणे अस्ति इति द्रष्टव्यम्। सार्वधातुकप्रक्रिया अस्ति चेत् गणचिन्तनं भवति, धातुः कस्मिन् गणे अस्ति इति द्रष्टव्यम्। आर्धधातुकप्रक्रिया अस्ति चेत् इडागमचिन्तनं करणीयम्। आर्धधातुकप्रक्रियायाः प्रसङ्गे गणचिन्तनम् अनावश्यकम्। इदानीं वयं लिख् धातोः रूपाणि साधयामः। लिख् धातुः तुदादिगणे अस्ति। तुदादिगणः षष्ठः गणः। तुदादिगणस्य वैशिष्ट्यं किम् इति अपि किञ्चित् ज्ञातव्यम्। अक्षरविन्यासे इत्यस्मिन् अर्थे लिख् धातुः अस्ति। उपदेशावस्थायां तस्य रूपं लेखा। नरेश महोदय, लिखा इति धातोः रूपं स्वीकृत्य लट् लकार प्रथमपुरुष एकवचनरूपं साधयतु।
लिखन् लिखन् अस्ति चेत् प्रथम तु उपदेशे नासिक अकारस्य यत् संज्ञा भवति लिख् धातुः अस्ति। लिख् अस्ति चेत् तत्र लट्लकारे प्रथम लिख् योग लट् तत्र टकारस्य इत्संज्ञा भवति, लकारस्य अपि इत्संज्ञा भवति। तत्र लट् टकारस्य इत्संज्ञा भवति, अतः लिख् योग ल लस्य स्थाने तत्र तिबादय आगतः। लिख् योग ति तत्र
किमर्थं तिप् एव स्वीकृतवान्?
तिप् लिख् तत्र लस्य स्थाने तिबादय आगति लट् अस्ति चेत् तत्र अत्र परस्मैपदी।
कथं ज्ञातवान् धातुः परस्मैपदी इति? धातुः किं पदी इति अपि ज्ञातव्यं खलु?
विस्मरामि, तत्र सूत्र अस्ति।
शेषात् कर्तरी परस्मैपदम् अनुदात्तनित आत्मनेपदं नास्ति, स्वरितनितकर्तृभिप्राये इति सूत्रमपि तत्र कार्यं न करोति। शेषात् कर्तरि परस्मैपदम् इति सूत्रेण धातुः परस्मैपदी धातुः भवति खलु। कथं ज्ञातुं शक्नुमः इत्युक्ते पाणिनेः धातुपाठं दृष्ट्वा अवगन्तुं शक्नुमः, लिखौ इत्यत्र अन्यानि चिह्नानि सन्ति वा, उपरि वा अधोभागे वा चिह्नानि सन्ति वा, एतत् सर्वं द्रष्टव्यम्। औपदेशिकधातोः रूपं दृष्ट्वा अवगन्तुं शक्नुमः। अत्र तु शेषात् कर्तरि परस्मैपदम् इति सूत्रेण धातुः परस्मैपदी धातुः, यद्यपि अष्टादश तिङ्प्रत्ययाः सन्ति तेषु टिप् एव स्वीकुर्मः खलु।
अस्ति चेत् लट् लकारे ति अस्ति, लक् लिक् योग ति अस्ति, ति तत्र तिंक्षित् सार्वधातुकम्, अतः कर्त्रार्थे सार्वधातुकम् अस्ति चेत् तत्र मध्ये विकरणप्रत्ययः आगतः। तुदादिभ्यः शः, तत्र विकरणप्रत्ययः अस्ति।
अत्र बाध्यबाधकभावः नाम्ना एकं चिन्तनम् अस्ति, बलाबलचिन्तनं। कर्तरिषप् सूत्रम् अस्ति, तुदादिभ्यः शः इति सूत्रमपि अस्ति, द्वयोः प्रसङ्गे किं सूत्रं तत्र कार्यं करोति, किमर्थं करोति? बाध्यबाधकभावः अथवा बलाबलचिन्तनं तस्मिन् प्रसङ्गे किञ्चित् ज्ञातव्यम्। किमर्थं तुदादिभ्यः शः एव कार्यं करोति, किमर्थं कर्तरिषप् सूत्रं कार्यं न करोति?
शप् तु तत्र भवादिगणे अस्ति, परन्तु तुदादिगणे शः अस्ति।
तत्र किञ्चित् चिन्तनमस्ति, एषा प्रक्रिया सार्वधातुकप्रक्रिया, अतः धातुः कस्मिन् गणे अस्ति इति अवश्यं द्रष्टव्यम्। अत्र कर्तरिषप् तुदादिभ्यः शः द्वयोः सूत्रयोः प्रसक्तिः अस्ति, किन्तु कर्तरिषप् इति सूत्रस्य प्राप्तिः न भवति, तुदादिभ्यः शः इति सूत्रस्य कार्यं भवति। श इति विकरणप्रत्ययः एव अत्र आयाति, किमर्थं चेत् तुदादिभ्यः शः इति सूत्रम् अत्र कार्यं न करोति चेत् अन्यत्र तस्य लब्धावकाशः नास्ति, अन्यत्र तस्य कार्यं भवितुं न अर्हति। तुदादिगणीयधातुः अस्ति इति कारणतः तुदादिभ्यः शः सूत्रेण एव कार्यं भवति, अपि च तुदादिभ्यः शः इति सूत्रस्य कार्यक्षेत्रं बहुलघु अस्ति। कर्तरिषप् सूत्रस्य कार्यक्षेत्रं बृहत् अस्ति, तुदादिभ्यः शः इति सूत्रस्य कार्यम् अवसरः अवकाशः कुत्रापि अन्यत्र न भवति, केवलं तुदादिगणीयधातूनां प्रसङ्गे एव तस्य कार्यं भवति। किमर्थं चेत् तस्य कार्यक्षेत्रं बहु लघु अस्ति, अपि च अष्टाध्याय्यां किमपि सूत्रं व्यर्थं मा भवतु इति पाणिनेः आशयः, अतः कर्तरिषप् इति सूत्रं प्रबाध्य अपवादबलेन तुदादिभ्यः शः इति सूत्रं कार्यं करोति। तुदादिभ्यः शः इति सूत्रस्य कृते कुत्रचित् कार्यक्षेत्रं कल्पनीयं भवति, तदर्थमेव तुदादिभ्यः शः इति सूत्रम् अत्र कार्यं करोति। किमर्थं चेत् धातुः तुदादिगणीयः, कर्तरिषप् सूत्रम् उत्सर्गसूत्रं, तुदादिभ्यः शः इति सूत्रम् अपवादसूत्रम्, अत्र अपवादबलेन अपवादसूत्रेण कार्यं भवति। इदानीं वदतु,
लिक् योग श योग ति अस्ति, तत्र शकारस्य यत् संज्ञा भवति लिक् योग अ योग ति, अत्र श षित् अस्ति परन्तु पित् नास्ति, पित् नास्ति चेत् तत्र गुणकार्यं न भवति।
किमर्थं
पित् सार्वधातुकम् अपित् अस्ति चेत् निति च सूत्रेण नित्वत् भवति।
सार्वधातुकम् अपित् सूत्रं किं वदति?
सार्वधातुकम् अपित् नित् अस्ति,
इत्युक्ते सार्वधातुकम् अपित् इति सूत्रम् अतिदेशसूत्रम्, इत्युक्ते प्रत्ययस्य स्वभावपरिवर्तनं भवति तेन सार्वधातुकप्रत्ययः अपित् प्रत्ययः यः अस्ति सः प्रत्ययः नित्वत् प्रवर्तते. सार्वधातुकप्रत्ययः षित्वात् सार्वधातुकः अपित् प्रत्ययः तादृश सार्वधातुक अपित् प्रत्ययः नित्वत् प्रवर्तते. नित्वत् भवति चेत् नित्वत् भावम् आश्रित्य कानिचन कार्याणि भवन्ति, तेषु अन्यतमं कार्यमेव गुणनिषेधः खलु.
गुणनिषेधः अस्ति, अतः तत्र गुणकार्यं न भवति. अत्र उपधायां एकारः अस्ति परन्तु गुणकार्यं न भवति, अतः लिख् स्थीयते. लिख् योग अ योगति, अत्र वर्णमेलने लिखति भवति.
बहु सम्यक्, तदेव महोदय. लिखिति इगुपदम् अङ्गमस्ति, शाविकरणप्रत्ययं निमित्तीकृत्य लिख् इति धातुः एव अङ्गं भवति. लिख् धातुः इगुपदधातुः अस्ति चेदपि शाप्रत्यये पित्वं नास्ति इति कारणतः गुणनिषेधः भवति. अपि च तिप् प्रत्ययं निमित्तीकृत्य लिखा इति अङ्गं भवति. लिखा इति अङ्गम् अदन्तमङ्गमस्ति, अदन्तमङ्गमस्ति इति कारणतः तिप् प्रत्ययं निमित्तीकृत्य अन्तिमसोपाने गुणकार्यं न भवति, केवलं वर्णमेलनमेव भवति. तेन लिखति इति रूपं भवति. शा इति द्विधादिगणीयगणविकरणप्रत्ययः, शा प्रत्यये शित्वमस्ति किन्तु अपित्वमस्ति इत्यतः नित्वत् भवति. नित्वत् भवति इति कारणतः नित्वत् भावस्य प्रामुख्येन नित्वत् भावम् आश्रित्य कार्याणि प्रवर्तन्ते. इत्युक्ते द्विधादिगणीयधातुषु नित्वद्भावम् आश्रित्य केषुचित् धातुषु भिन्नकार्याणि भवन्ति. अस्मिन् धातौ क्निति च सूत्रेण गुणनिषेधः, अन्येषु धातुषु केषुचित् धातुषु द्विधादिगणीयधातुषु नित्वद्भावम् आश्रित्य सम्प्रसारणकार्यं भवति विशिष्टसूत्रेण. अपि च अन्येषु केषुचित् धातुषु अनिदितां हल उपधाया क्निति सूत्रेण नकारलोपः भवति अनिदित् धातुषु. इत्युक्ते नित्वद्भावम् आश्रित्य कानिचन कार्याणि भवन्ति. अतः शाविकरणप्रत्यये नित्वम् अध्यारोप्यते. अपि च एषा सार्वधातुकप्रक्रिया खलु, शत्रन्तरूपसिद्धौ शाणजन्तरूपसिद्धौ अपि एवमेव चिन्तनं करणीयम्. लिख् धातुं स्वीकृत्य शत्रन्तप्रातिपदिकं साधयतु.
शत्रन्त तत्र आर्धधातुक प्रत्ययः अस्ति. शत्रन्त
शत्रु इति कथनेन अर्धधातुकः भवति वा?
न, शत्र कृत् प्रत्ययः अस्ति परन्तु तत्र शित् अस्ति अतः सार्वधातुकं भवति. शत्र तत्र शकारस्य इत्संज्ञा भवति, अपि च ऋकारस्य इत्संज्ञा भवति. अत् स्थीयते, लिख् योग अत् अस्ति. प्रातिपदिकं लिखत् भवति.
शत्र इत्यत्र अत् एव अवशिष्यते. शत्रुप्रत्ययः शित्वात् सार्वधातुकः, अपि च कर्त्रार्थकप्रत्ययः. इत्युक्ते शत्रुप्रत्ययः कर्तारं बोधयति. शत्रुप्रत्ययः कर्त्रार्थकसार्वधातुकप्रत्ययः इति कारणतः अत्र पुनः गणचिन्तनं करणीयम्. लिख् धातुः तुदादिगणे अस्ति इति कारणतः अत्रापि तुदादिभ्यः शः इति सूत्रेण शा विकरणप्रत्ययः आयाति. शा इत्यत्र शकारस्य इति संज्ञा भूत्वा आ एव अवशिष्यते. लिख् योगः आयोगः अत् इति स्थितिः अस्ति. इदानीं तत्र एकं सन्धिकार्यमस्ति, अतो गुणे इति सूत्रेण गुणसंज्ञकवर्णः एकादेशः भवति. गुणसंज्ञकवर्णः इति कथनेन अकारः अपि गुणसंज्ञकवर्णः एव. लिखत् इति प्रातिपदिकं भवति. पुंलिङ्गे प्रथमाविभक्ति एकवचनरूपं लिखन् भवति. स्त्रीलिङ्गे कथं भवति रूपं वदतु.
लिखन्ति भवति.
तावदेव वा?
अहं चिन्तयामि पुल्लिङ्गे लिखन्, स्त्रीलिङ्गे लिखन्ति, अपि च नपुंसकलिङ्गे लिखत् अस्ति.
किमर्थं पृच्छन्ती अस्मि इत्युक्ते, नीलं भगिनी भवती वक्तुमिच्छति वा? तुदादिगणे विशेषः अस्ति, वदतु.
तुदादिगणे अपि च भुवादिगणे तत्र शत्रन्तप्रकरणे भुवादिगणे नित्यं तत्र किं नकारः आगच्छति, परन्तु तुदादिगणे विकल्पेन नकारः गच्छति स्त्रीलिङ्ग स्त्रीलिङ्गे. अपि च लिखति इति रूपं रूपद्वयं सिद्ध्यते.
बहु सम्यक् स्मर्तव्यः अंशः खलु. उत्तमम्.
अत्र धन्यवादः, स्मरामि.
उत्तमम्. स्त्रीलिङ्गशत्रन्तरूपेषु तुदादिगणे विकल्पेन रूपद्वयं भवति. तत्र एकं सूत्रमस्ति आचीनद्योर्नुम् इति सूत्रमस्ति. आचीनद्योर्नुम् नुम् इति कथनेन नुमागमः भवति. नुमागमः तुदादिगणे विकल्पेन भवति स्त्रीलिङ्गशत्रन्तरूपेषु, अतः रूपद्वयं सिद्ध्यति. बालिका लिखती खादति, बालिका लिखन्ती खादति इति रूपद्वयमपि अस्ति. स एव भेदः भुवादिगण तुदादिगणयोः मध्ये. भुवादिगणे नुमागमः नित्यरूपेण भवति. बालिका खादन्ती चिन्तयति, बालिका वदन्ती गच्छति, खादन्ती पठति, एकमेव रूपं. नित्यरूपेण नुमागमः भवति भुवादिगणे, किन्तु तुदादिगणे नुमागमः स्त्रीलिङ्गसत्रन्तरूपेषु विकल्पेन भूत्वा रूपद्वयं सिद्ध्यति. बालिका लिखन्ती पठति, बालिका लिखति पठति. स एव भेदः द्वयोः गणयोः मध्ये. तुदादिगणीयप्रथमसदस्यः तुद् अस्ति. तुदति तुदन्ती इति रूपद्वयं सिद्ध्यति. अपि च धातुः भुवादिगणे अस्ति वा तुदादिगणे अस्ति वा इति लट्लकाररूपं दृष्ट्वा कुत्रचित् अवगन्तुं न शक्नुमः. इत्युक्ते धातुः इगुपदधातुः अथवा इगन्तधातुः अस्ति चेत् तत्र गुणकार्यं भवति वा न वा इति दृष्ट्वा अवगन्तुं शक्नुमः. किन्तु केचन धातवः अदुपधाः सन्ति. अदुपधाः इत्युक्ते चल् धातुः. चल् धातुः इव केचन धातवः अदुपधाः सन्ति. धातुः अदुपधः चेत् तत्र गुणकार्यस्य प्रसङ्गं स्वीकृत्य तत्र निर्णयं कर्तुं न शक्नुमः खलु. तादृशप्रसङ्गे स्त्रीलिङ्गसत्रन्तरूपं कथमस्ति, स्त्रीलिङ्गसत्रन्तरूपद्वयमस्ति वा न वा इति अवश्यं द्रष्टव्यम्. तुदादिगणे यावन्तः धातवः सन्ति तेषां सर्वेषां धातूनां सत्रन्तस्त्रीलिङ्गरूपेषु नुमागमः विकल्पेन भवति. इदं वैशिष्ट्यं सर्वेषां तौदादिकधातूनां कृते प्रवर्तते. चल् धातुः अपि तुदादिगणीयः एव. चल् इत्यादयः धातवः अदुपधाः. अदुपधधातवः अनेन कारणेन एव, इत्युक्ते सत्रन्तस्त्रीलिङ्गरूपेषु रूपद्वयमस्ति इति कारणतः एव चल् इत्यादयः अदुपधधातवः तुदादिगणे स्थापिताः सन्ति. लिख् धातुः परस्मैपदी इति कारणतः शत्रन्तरूपमेव सिद्ध्यति. शत्रन्तरूपसिद्धिः सार्वधातुकप्रक्रियायाम् अन्तर्भूतम्. इत्युक्ते शत्रन्तरूपसाधनवेलायाम् अपि गणचिन्तनम् आवश्यकम्, अपि च शाविकरणप्रत्ययः अवश्यम् आयाति. साधु महोदय, धन्यवादाः. इदानीं नीलं भगिनी भवती वदतु, क्त्वान्तरूपं साधयतु लिख् धातुतः. चिन्ता मास्तु. सत्यभामा भगिनी भवती वक्तुमिच्छति वा?
त्वा इति प्रत्ययः आर्थधातुकप्रत्ययः, लिख् इति इकुबधा धातुः अस्ति. अतः इदानीं आर्थधातुक कित् प्रत्ययः अस्ति त्वा इति. कित् प्रत्ययः अस्ति इति कारणात् कित् ङित्वात् भवति गुणनिषेधः इति ङित्वात्. परन्तु
तत्सम्बद्धानि सूत्राणि अपि वदतु.
प्रथमम् अयम् आर्थधातुकप्रक्रिया, यतोहि आर्थधातुकं शेषः इत्यनेन आर्थधातुकसंज्ञा. इदानीम् अतः आर्थधातुकप्रक्रिया अत्र आगच्छति. कित् प्रत्ययः आर्थधातुक त्वा प्रत्ययः आर्थधातुकप्रत्ययः. ककारस्य इत्संज्ञा भवति इति कारणात् अयं प्रत्ययः कित् अस्ति. कित् प्रत्ययः अस्ति इति कारणात् किङ् इति च इति सूत्रेण
तिङ् वा कृत्वा इति अपि वदतु.
प्रत्ययः तिङ् नास्ति, अतः कृततिङ् इति सूत्रेण अतिङ् प्रत्ययः कृत् भवति. अयं प्रत्ययः कृत् प्रत्ययः अस्ति, अपि च ककारचित्संज्ञा भवति इति कारणात् कित् अस्ति. किङ् इति च इति सूत्रेण गुणनिषेधः अपि भवति. इदानीम् अस्माकं धातुः अस्ति लिखिति, अयं धातुः सेट् धातुः अस्ति.
कथं सेट् धातुः इति ज्ञातवती?
उपदेशस्थानीयम् अनुदात्तः नास्ति, अपि च एकाच् अपि नास्ति. परन्तु अनुदात्तधातुः नास्ति.
अनुदात्तः नास्ति इति एव वक्तव्यं तत्र खलु?
तदेव चिन्तितवती, एकाच् अनुदात्तः.
एकाच उपदेश अनुदात्तात् इति सूत्रेण अनिटत्वम् उच्यते. अयं धातुः एकाच् धातुः उदात्तः. उदात्तः इति कथनेन को अर्थः?
उदात्तः इत्यनेन अस्य
उपरि चिह्नं नास्ति, अधोभागे चिह्नं
नास्ति, तावदेव वा.
एकाच्च उदात्तः, अतः धातुः सेट्. इदानीं प्रत्ययस्य ईडागमयोग्यत्वं वदतु.
प्रत्ययः, अयं प्रत्ययः कित् अस्ति, परन्तु अर्थधातुकस्य इट् वलादेः इत्यनेन सूत्रेण वल् प्रत्याहारे अस्ति इति कृत्वा ईडागमः योग्यता अस्मिन् प्रत्यये वर्तते. इदानीम् अस्माकं प्रत्ययः कृतथिङ् इति सूत्रेण कृत् प्रत्ययः अपि अस्ति. अतिङ् प्रत्ययः कृत् अस्ति इति कारणात् कृत् प्रत्ययः अस्ति. अतः न इट् वशीकृति इति सूत्रस्य अपि प्रसक्तिः अस्ति. अतः तत्रापि कित् प्रत्ययः अस्ति इति कारणात् प्रथमस्तरे विद्यमानः वर्णः आदौ आगच्छति इति कृत्वा इडागमः निषिध्यते.
प्रत्ययस्य इडागमयोग्यत्वम् इति प्रश्ने सति सूत्रद्वयं द्रष्टव्यम्. आर्धधातुकस्य इड्वलादेः सूत्रेण किम् उच्यते?
वल् प्रत्ययस्य विद्यमानः वर्णः
क्त्वा प्रत्यये वलादिवर्णः कः?
ककारः. ककारः नास्ति
इत्युक्ते सर्वदा प्रत्ययस्य अनुबन्धलोपानन्तरम् एव आदिमवर्णः कः इति द्रष्टव्यम्. लशक्व तद्धिते इति सूत्रेण ककारस्य इति संज्ञा भूत्वा प्रत्ययस्य आदिमवर्णः तकारः अस्ति. सः तकारः वलादिवर्णः, अपि च अयं प्रत्ययः आर्धधातुककृत् प्रत्ययः अस्ति इति कारणतः नेड् वशीकृति इति सूत्रमपि द्रष्टव्यम्. नेड् वशीकृति किं वदति?
प्रत्ययस्य आदौ विद्यमानवर्णः वश् प्रत्याहारे अस्ति चेत् अत्र गुण इडागमः निषिध्यते इति.
निषिध्यते. अत्र तकारः वशादिः वा?
नास्ति.
नास्ति. अतः
इडानुकूलता वर्तते.
प्रत्ययः सेट् इडागमः भवति इत्युक्ते धातौ आनुकूल्यमस्ति, प्रत्यये अपि आनुकूल्यमस्ति, अतः इडागमयोग्यत्वम् अस्ति. वदतु.
इदानीम् इडागमः योग्यत्वम् अस्ति इति कारणात् लेखयोगः त्वा इति लिखिता इति भवति. लिखिता इडागमः भवति. लिखयोगः लिखयोगः ई योगः
त्वा
लिखित्वा लिखयोगः एव लिखयोगः ई योगः त्वा लिखित्वा इति रूपम्.
अत्र इतोपि चिन्तनमस्ति. लिख् धातोः प्रसङ्गे एकं विशिष्टं सूत्रं ज्ञातव्यम्.
अहं वदामि भगिनि, अत्र रलो व्युपधा दलादे संस्था इति सूत्रं किम् उच्यते चेत् रल् प्रत्याहारस्य ये वर्णाः सन्ति.
रल् प्रत्याहारस्थवर्णाः इति उक्तवती. रल् प्रत्याहारे के वर्णाः सन्ति वदतु.
रल् इत्युक्ते एकारं वकारं विधाय सर्वे व्यञ्जनवर्णाः तस्मिन् अन्तर्भूतमस्ति.
उत्तमं. रलो व्यपधा धलादेः संश्च इति सूत्रे चत्वारः निकषाः सन्ति, अथवा पञ्चनिकषाः सन्ति. पञ्चनिकषाः के भवती वदतु? पञ्चनिकषाः सन्ति चेदेव तत् सूत्रं कार्यं कर्तुं शक्नोति. लिख् धातोः प्रसङ्गे तादृशी स्थितिः अस्ति वदतु.
लिख् लिख् धातौ एतादृशनिकषा अस्ति वा इति इदानीं द्रष्टव्यं. रलो व्युपधा हलादेशे इति हल् आदेशे इति अस्ति वा? इदानीं हलादिवर्णः हलन्तधातुः अस्ति वा इति द्रष्टव्यं.
हलादिः अत्र अस्य सूत्रस्य कार्यार्थं निकषाः के इति प्रश्ने सति लिख् धातुः हलादिधातुः, रलन्तधातुः. रलन्त इति कथनेन रल् प्रत्याहारस्थवर्णः अन्ते अस्ति. रल् प्रत्याहारे के के वर्णाः सन्ति? यकारं वकारं विहाय अन्यानि सर्वाणि व्यञ्जनानि सन्ति रल् प्रत्याहारे. लिख् इत्यत्र खकारः रल् प्रत्याहारस्थवर्णः, धातुः हलादिः, रलो व्युपधात् व्युपधात् इत्यत्र सन्धिकार्यमस्ति. शुभदा भगिनी भवती वक्तुमिच्छति वा अस्मिन् प्रसङ्गे?
रलो व्युपधात् अत्र उपधा इति विषये अपि एकः विषयः अस्ति. यदा उपधा उदुपध धातुः अथवा इदुपध धातुः अस्ति, तदपि एकः बिन्दुः. यदा भवती उक्तवती धातुः हलादिः भवेत्, रलन्त भवेत्, अपि च तस्य उपधायां इकारः, लघु इकारः वा लघु उकारः वा भवेत्,
धातुः सेट् भवेत्.
धातुः सेट् भवेत् खलु, धातुः सेट् भवेत्. तस्मात् परं च यदा क्त्वा प्रत्ययः भवति
तदा कित्वं विकल्पेन भवति.
कित्वं विकल्पेन भवति
भिन्नरीत्या अपि वक्तुं शक्यते. कित्वं विकल्पेन भवति इति अपि वक्तुं शक्यते, नो चेत् अकित्वम् अध्यारोप्येते इति अपि वक्तुं शक्यते. इदं सूत्रम् अपि अतिदेशसूत्रम् अस्ति. अनेन विशिष्टसूत्रेण अत्र क्त्वा प्रत्ययस्य कित्वं विकल्पेन भवति. तस्य अर्थः कः? विकल्पेन भवति इत्युक्ते किम्?
कित्वं विकल्पेन भवति यत् यस्मिन् पक्षे कित्वं न भवति तस्मिन् पक्षे अङ्गस्य गुणः सम्भवति.
उत्तमं. कित्वं भवति चेत्?
कित्वं भवति चेत् किङिति च इति सूत्रेण तस्य गुणनिषेधः, गुणवृद्धिनिषेधः.
उत्तमम्. इत्युक्ते यस्मिन् पक्षे कित्वं स्वीक्रियते, यस्मिन् पक्षे कित्वं भवति, तस्मिन् पक्षे गुणनिषेधः भवति. यदा कित्वं स्वीकुर्मः तदा क्निति च सूत्रेण गुणनिषेधः भवति, तस्यां दशायां लिखित्वा इति रूपं सिध्यति. अन्यस्मिन् पक्षे अकित्वं स्वीकुर्मः इत्युक्ते अन्यस्मिन् पक्षे कित्वं नास्ति, कित्वं नास्ति चेत् तत्र गुणस्य कृते बाधा नास्ति. केन सूत्रेण गुणकार्यं भवति लिखित्यत्र?
लिखित्यत्र पुगन्तलघुपधस्य च इत्यनेन उपधायाः लघु इक् यः अस्ति तस्य गुणः भूत्वा तस्य गुणः भवति. अतः लिख् अस्ति, तदनन्तरं क्वा इति अस्ति चेत् तत्र यदा कित्वं न भवति तदा गुणः भवति, उपधायां गुणः सम्भवति. अतः लेख् इति भवति, लेखित्वा इति रूपं भवति.
बहु सम्यक्. इत्युक्ते लिखित्वा रूपमपि अस्ति, लेखित्वा रूपमपि अस्ति. अत्र रलो व्युपधात् हलादेः संश्च इति सूत्रेण अत्र विकल्पेन कित्वं भवति. एकस्मिन् पक्षे कित्वं भवति, अन्यस्मिन् पक्षे न भवति. तत्र सूत्रस्य कृते चत्वारः अथवा पञ्चनिकषाः सन्ति. धातुः हलादिः स्यात् व्युपधात् इति कथनेन उयोगः इ यण्सन्धिकार्यं, व्युपधा इति कथनेन वि उपधा यस्य सः, वि उपधा यस्य सः इति व्युपधः इति भवति. व्युपधात् हलादेः तत्रापि सन्धिकार्यम् अस्ति. व्युपधात् हलादेः तत्र पूर्वसवर्णसन्धिः अस्ति. व्युपधाद्धलादेः इत्यत्र झयोः अन्यतरस्याम् इति सूत्रमस्ति, पूर्वसवर्णसन्धिसूत्रमस्ति, पूर्वसवर्णादेशः भवति. तत्र हकारस्य स्थाने विकल्पेन धकारादेशः भवति. तद्धितम् इति पदमस्ति खलु, तत् योगः हितं. झलां जशोन्ति इति सूत्रेण तत् इत्यस्य रूपं तद् भवति. तद्योगः हितं, तद्धितम् इत्युक्ते तद्योगः हितं. हितम् इत्यत्र हकारः अस्ति. हकारस्य स्थाने विकल्पेन धकारादेशः भवति, पूर्वसवर्णादेशः. अस्य सन्धेः नाम पूर्वसवर्णसन्धिः. सूत्रमस्ति झयोः अन्यतरस्याम्, तेन सूत्रेण तद्धितम् इति रूपं सिध्यति. एवमेव अत्रापि व्युपधाद्धलादेः इत्यत्र पूर्वसवर्णसन्धिकार्यमस्ति. रलः इति पञ्चम्यन्तं, वि उपधात् इति अपि पञ्चमी एकवचनरूपमस्ति. वि इति कथनेन उकारः योगः इकारः चिन्तयन्तु, उकारः योगः इकारः, तत्र उकारस्य स्थाने यण्सन्धिकार्यं भूत्वा वकारः आगतः, ऊ स्थाने यण्सन्धिकार्यं भूत्वा वकारः आगतः, तेन वकारः योगः इ वि भवति, वि उपधा यस्य सः व्युपधा इति भवति. रलः व्युपधात् हलादेः संश्च, संश्च इति कथयन को अर्थः, सञ्च इति अर्थः, तत्रापि सन्धिकार्यमस्ति, संयोगः च, सन्धिकार्यं भूत्वा संश्च इति रूपं भवति. संश्च इति कथयन कः अर्थः? इदं सूत्रं न केवलं क्त्वाप्रत्ययस्य प्रसङ्गे कार्यं करोति, सन्नन्तरूपसाधनवेलायाम् अपि अनेन सूत्रेण कार्यं भवति. अतः एव लिख् धातोः सन्नन्तरूपं कथं भवति? लि लिखिषति इति एकं रूपं, लिलेखिष्यति इति अन्यद् रूपम् अस्ति. इत्युक्ते सन्नन्तरूपेषु द्वित्वं भवति, अपि च अनेन सूत्रेण एव लिख् धातोः सन्नन्तरूपप्रसङ्गे रूपद्वयं सिद्ध्यति, लिलिखिषति लिलेखिष्यति इति रूपद्वयं सिद्ध्यति. अतः एव सूत्रे संश्च इति दत्तमस्ति, रलो व्युपधात् हलादेः संश्च इति सूत्रमस्ति. रलः इति उक्तमस्ति खलु, रलन्तधातुः स्यात्. दिव् धातुं स्वीकुर्मः चेत् दिव् धातौ अन्ये निकषाः पूरिताः दिव् इति धातौ, किन्तु रलन्तधातुः नास्ति इति कारणतः तत्र इदं सूत्रं कार्यं न करोति, अतः रूपद्वयं न सिद्ध्यति, केवलं दिव् धातोः रूपं देवित्वा इति एव भवति. इत्युक्ते दिव् धातुः हलादिः, इदुपधः, सेट्, किन्तु रलन्तः नास्ति, अतः केवलम् एकमेव रूपं देवित्वा. व्युपधात् इति उक्तं खलु, व्युपधात् इत्युक्ते उपधायां ह्रस्व इकारः ह्रस्व उकारः स्यात्. अन्ये निकषाः सन्ति चेदपि एषा निकषा नास्ति चेत् कार्यं न भवति. अन्यत् उदाहरणं, वृत् धातुः अस्ति, वृत् धातुः अपि हलादिः, सेट् धातुः, किन्तु उपधायां ह्रस्व इकारः ह्रस्व उकारः तत्र नास्ति. वृत् इत्यत्र उपधायां ऋकारः अस्ति, अतः इदं सूत्रं तत्र कार्यं न करोति, अतः रूपद्वयं न सिद्ध्यति. वृत् धातोः रूपं वर्तित्वा एकमेव रूपं, तत्र उपधायां ऋकारः अस्ति, अतः केवलम् एकमेव रूपं वर्तित्वा इति भवति. एवमेव हलादेः इति लिखितमस्ति सूत्रे, हलादिधातुः स्यात्, हलादिधातुः अस्ति चेदेव इदं कार्यं भवति. उदाहरणार्थं इष् इति एकः धातुः अस्ति, इष् धातुः हलादिः नास्ति, रलन्तः एव, सेट् एव, इदुपध धातुः एव, किन्तु हलादिः नास्ति. इष् इति धातुः अजादिः, अतः तस्मिन् धातौ अपि क्त्वान्तरूपसिद्धौ रूपद्वयं न सिद्ध्यति, अतः इष् धातोः एकमेव रूपम् एषित्वा. धातुः सेट् स्यात्. तदवगन्तुं भुज् इति धातुः अस्ति, भुज् धातुः हलादिः, उदुपधधातुः, रलन्तः, जकारः रल् प्रत्याहारे अस्ति, किन्तु धातुः सेट् नास्ति, भुज् धातुः अनिट्, तदर्थमेव तस्य रूपं भुक्त्वा इति भवति. सेट् धातुः नास्ति, अतः तत्र केवलं भुक्त्वा इति एव रूपं भवति. एवं चिन्तनीयं, धातुः रलन्तः वा, व्युपधात् वा, हलादिः वा, सेट् वा, एताः निकषाः पूरिताः सन्ति चेदेव अनेन सूत्रेण कित्वं विकल्पेन भवति.
एकः सन्देहः अत्र, उकारः ह्रस्व उकारः स्वीकृत्य, ह्रस्व उकारधातुः स्वीकृत्य एकं भवति वा?
अस्मिन् करपत्रे एव दत्तमस्ति, बुद्धधातुः गणद्वये अस्ति, एकः बुद्धधातुः अस्ति, तस्मिन् प्रसङ्गे बुधित्वा इति एकं रूपम् अस्ति, बोधित्वा इति रूपम् अस्ति. बोधित्वा इति रूपं कथं सिद्ध्यति इति मनसि प्रश्नः उदेति. बोधित्वा रूपं कुत्रचित् शृणुमः, क्त्वाप्रत्ययः कित् प्रत्ययः खलु, किमर्थं बोधित्वा कथं भवति, बुद्धबोध कथं भवति इति प्रश्नः सामान्यतया मनसि आयाति. तत्र इदं सूत्रं स्मर्तव्यम्, इत्युक्ते रलो व्युपधात् हलादेः संश्च इति सूत्रेण कित्वं विकल्पेन भवति. कित्वं भवति चेत् गुणनिषेधः, कित्वं न भवति चेत् गुणकार्यं भवितुं शक्नोति, अत्र गुणकार्यम् अभवत् अतः एव बोधित्वा इति रूपं निर्मितम् इति अवगन्तुं शक्नुमः. बुद्धधातुः उदुपदधातुः. बुद्ध इति हलादिः, हलन्तः, सेट् अपि च उदुपथ. एताः चत्वारः निकषाः पूरिताः सन्ति चेदेव अस्य सूत्रस्य कार्यं भवति.
एतत्तु वयं न पठितवन्तः. कुत्रापि लिखितम् अस्ति रलविषये, व्यूपस् विषये?
आं महोदय, अस्मिन् करपत्रे नास्ति, किन्तु अस्माभिः स्मर्तव्यं. किमर्थं चेत् लिखित्वा रूपमपि अस्ति लोके, लेखित्वा रूपमपि अस्ति. लिखित्वा रूपं तु सरलतया साधयामः, लेखित्वा रूपं तस्य समर्थनं कथं भवति इति अपि ज्ञातव्यं. लेखित्वा इति पदस्य रूपसिद्धिः कथं भवति इति प्रश्ने सति एतद् अवगन्तव्यं. स्वरूपमहोदयस्य जालपुटे अस्ति अस्य उत्तरम्.
अस्तु, जलपुटे अस्ति.
अस्ति, किन्तु अस्मिन् करपत्रे नास्ति. कित्वं बाधितं चेत् गुणकार्यं भवति, कित्वं न बाधितं चेत् गुणकार्यं बाधितं भवति. कित्वम् अस्ति चेत् गुणकार्यं न भवति, अतः लिखित्वा. कित्वं बाधितं चेत् गुणकार्यस्य प्रसक्तिः अस्ति, गुणकार्यं भवितुं शक्नोति, अतः लेखित्वा इति रूपमस्ति. लिखधातोः रूपद्वयं, लिखित्वा, लेखित्वा. एवमेव बुद्धधातोः प्रसङ्गे अपि चिन्तनं करणीयं. बुधित्वा एकं रूपं, बोधित्वा इति अन्यद् रूपम् अस्ति.
भगिनी, अत्र एकं संशयः अस्ति. अत्र विपुधात् इति यः पदम् अस्ति, तत्र केवलं ह्रस्व इकारस्य अपि च ह्रस्व उकारस्य एव ग्रहणं कथं, तत्र तत् कथं साधनीयम्? केवलं ह्रस्व इकारस्य एव तत्र उपधायां ह्रस्व इकारः अपि च ह्रस्व उकारः एव भवेत् तत्र?
तादृशधातुः अस्ति चेदेव अनेन सूत्रेण कार्यं भवति.
परन्तु सूत्रे लघुविषये किमपि न दत्तमस्ति, इत्युक्ते क्रीडविषये तु सूत्रं कार्यं न करोति.
तत्र लघुपदम् अङ्गम् अस्ति चेदेव खलु पुगन्तलघुपदस्य च सूत्रेण गुणकार्यं भवति. पुगन्तलघुपदस्य च सूत्रेण गुणकार्यं भवति. गुणकार्यं भवितुं पुगन्तम् अङ्गं स्यात्, लघुपदम् अङ्गं स्यात्. क्रीड् इत्यत्र गुणकार्यं न भवति खलु, न कदापि.
अस्तु अस्तु, तत् सूत्रतः. ओके, सत्यं.
शुभदा भगिनी उक्तवती भुगन्तलघुपदस्य च सूत्रेण गुणकार्यं भवति इति उक्तवती. तत्र लघुपदम् अङ्गम् अस्ति चेदेव भुगन्तलघुपदस्य च सूत्रेण लिख् इत्यत्र गुणकार्यं भूत्वा लेख् भवति. लेख् योगः धातुः इडनुकूलः, प्रत्ययः इडनुकूलः, अतः लेखित्वा इति रूपम्.
अपि च भगिनी अन्यः एकः विचारः, तत्र वि इति अस्ति लघु इक् लघु उ इति इत्यस्य वर्णमेलनेन एव वि इति भवति, परन्तु तत्र ते सर्वे अविधीयमानः वर्णाः, अतः तस्य सवर्णानां ग्रहणं न भवति इति एकः विचारः. सम्यक् वा तत्र?
उश्च इश्च वि, उच ईच.
परन्तु तत्र उ इति ग्रहणेन उ इत्यस्य ग्रहणं नास्ति, अथवा ई दीर्घ ईकार इकारस्य ग्रहणं नास्ति. किमर्थं चेत् तत्र ते अविधीयमान वर्णाः, तत्र कार्यं साक्षात् तत्र कार्यं न भवति. अतः अनुदितसवर्णस्य चा प्रत्ययः इति सूत्रेण अविधीयमानाः सन्ति इति कृत्वा तस्य सवर्णस्य ग्रहणं तत्र न भवति. अतः इ इति कथनेन दीर्घ इकारस्य ग्रहणं न भवेत्, उ इति कथनेन दीर्घ उकारस्य ग्रहणं न भवेत् इति विवरणं सम्यक् वा इति न जानामि.
तदपि अस्ति इति भाति. कित्वस्य विकल्पात् रूपद्वयं सिद्ध्यति. एवमेव सनन्तरूपेषु अपि कित्वविकल्पात् तत्रापि कित्वविकल्पात् रूपद्वयं सिद्ध्यति. अतः लिलेखिषति इति रूपमपि अस्ति सनन्तरूपं. लिख् धातोः सनन्तरूपं लिलिखिषति, लिलेखिषति इति रूपमपि अस्ति. अस्तु, अग्रे सरेम. इदानीं सत्यभामा भगिनी भवती वदतु, लेखयति इति णिजन्तरूपं साधयतु.
भगिनि तस्मात् पूर्वं मम एकः प्रश्नः अस्मिन् सूत्रे व्यू इत्यनेन वकारः क्षम्यता इकारः उकारः स्पष्टतया उक्तम् इति कृत्वा अन्येषां वाचा इति वक्तुं शक्यते वा अन्ये वर्ग अन्ये सवर्णग्रहणं न भवति इति
उक्तत्वात्
परन्तु तत्र तपरग्रह तपरकरणं नास्ति खलु
तथापि व्यू इति अस्ति खलु
हा परन्तु व्यू इत्यस्य शब्दविच्छेदः इ उ इति भवति परन्तु इत् उत् इति तत्र दत्तं नास्ति सो इ इति अस्ति चेत् तत्र इकारस्य अष्टानां भेदानां ग्रहणं भवितुम् अर्हति
दीर्घस्वरः अस्ति चेदपि अण्सन्धिकार्यं भवति
भवति परन्तु अविधीयमानाः सन्ति तत्र साक्षात् कार्यं न भवति इति कृत्वा तस्य तत्र सवर्णस्य ग्रहणं न भवेत् इति अस्ति चेत् इकारस्य एव ग्रहणम् इति
अविधीयमानः इत्यस्य अर्थं न अवगच्छामि इदानीम् इदापि एकः सत्यः इति च इति सूत्रस्य बाधा करोति वा इदं सूत्रम्
इदं सूत्रम् अतिदेशसूत्रम् इत्युक्ते अनेन सूत्रेण अकित्वम् अध्यारोप्यते कुत्रचित् नित्वम् अध्यारोप्यते खलु तुदादिगणीयधातूनां प्रसङ्गे नित्वम् अध्यारोप्यते एवमेव इदं सूत्रम् अतिदेशसूत्रम् अस्ति इति कारणतः अकित्वम् अध्यारोप्यते क्त्वाप्रत्ययस्य कित्वम् अस्ति वस्तुतः किन्तु अनेन सूत्रेण अकित्वम् अध्यारोप्यते अकित्वम् अस्ति चेत् गुणकार्यं भवितुं शक्नोति अकित्वमस्ति चेदेव गुणकार्यं गुणकार्यमस्ति चेदेव लेखित्वा इति रूपं खलु
तत्र भिन्नधातवः अपि सन्ति इति चिन्तयामि
अन्यधातवः अपि सन्ति अन्यद् उदाहरणं बुद्धधातोः उदाहरणम् उक्तवती खलु बुद्ध् इत्यत्र हलादिः रलन्तः सेट् अपि च उपधायां ह्रस्व उकारः अस्ति बुद्ध् इत्यत्र
इयं सूत्रं धातुविषये अस्ति धातोः विषये एव एते चत्वारः निकषाः उक्ताः
धातोः विषये एव चत्वारः निकषाः उक्ताः अपि च अनेन सूत्रेण अकित्वम् अध्यारोप्यते अतिदेशसूत्रमस्ति इति कारणतः सूत्राणि षड्विधानि खलु अतिदेशसूत्राणि किं भवति प्रत्ययस्य स्वभावपरिवर्तनं भवति दिशाप्रत्ययस्य प्रसङ्गे चिन्तितं खलु
चिन्तितम् अन्यत्र विद्यमानस्य धर्मः अन्यत्र आरोपयति इति
इत्युक्ते यस्य प्रत्ययस्य स्वभावः तादृशः नास्ति नूतनस्वभावः तस्मिन् अध्यारोप्यते एवमेव अत्र क्त्वा प्रत्ययस्य कित्वम् अस्ति किन्तु अनेन विशिष्टसूत्रेण अत्र अकित्वम् अध्यारोप्यते अकित्वम् अस्ति इति कारणतः गुणकार्यं भवितुं शक्नोति गुणकार्यं भवति चेदेव लेखित्वारूपं सिद्ध्यति
भगिनि एतादृशाः चत्वारिंशत् अधिक त्रिशत दातवः सन्ति टोटल् 340 दातवः सन्ति इति लिखितं किञ्चित् अन्ये दातवः अपि अभ्यासं कर्तुं शक्यते वा अभ्यासं न करणीयं परन्तु धातु भवती धातुः ददाति चेत् वयम् अभ्यासं कुर्मः तादृशं 340 दातवः सन्ति चत्वारिंशत् अधिक त्रिशत दातवः सन्ति 340
अस्तु
बहवः दातवः सन्ति
अस्मिन्नेव करपत्रे बुद्धधातोः उदाहरणं दत्तमस्ति बुद्धधातोः रूपाणि साधयन्तु इति अस्मिन् करपत्रे लिखितम् अस्ति तस्मिन् प्रसङ्गे एतादृशं चिन्तनं करणीयं भुवादिगणे बुद्धधातुः किन्तु बुद्धधातुः अन्येषु गणेषु अपि अस्ति बुद्धधातोः प्रसङ्गे एवमेव चिन्तनं करणीयम् अस्तु अग्रे सरेम सत्यभाम भगिनी निजन्तरूपं
निजन्तरूपं लिखधातोः लिखिति इगुपधातुः अस्ति आदौ निच् प्रत्ययः आर्थधातुकप्रत्ययः आर्थधातुक णित् प्रत्ययः अस्ति णित् प्रत्ययः अस्ति इति कारणात् अत्र गुणकार्यं वृद्धिकार्यं च भवति एकनिमिषः
वृद्धिकार्यं किमर्थम् उक्तवती
न भवितुम् अर्हति इति उक्तं तावदेव
अत्र धातुः कीदृशः
इकुपदधातुः अस्ति अतः पुगन्धलघुपदस्य च इति सूत्रस्य एव प्रसक्तिः अस्ति इदानीं लिख् धातुः तदा अनन्तरं नेच्छति प्रत्ययः अनुबन्धलोपानन्तरम् इ इति अवशिष्यते.
लिख् धातुः तुदादिगणे अस्ति, अत्र णिच् प्रत्ययः केन सूत्रेण विधीयते, कस्मिन् अर्थे विधीयते?
स्वार्थे णिच्
न, स्वार्थिगणिच् केवलं चुरादिगणीयधातुः.
इदानीं हेतुमति च इति सूत्रेण विद्यते.
चुरादिगणीयधातुषु सत्यापपाशवीणातूल इति एकं दीर्घं सूत्रमस्ति, तेन सूत्रेण स्वार्थिगणिच् विधीयते. किन्तु अयं धातुः तुदादिगणीयः, अतः अत्र प्रेरणार्थे एव णिचः विधानं भवति, हेतुमति च इति सूत्रेण अत्र णिच् प्रत्ययः विहितः भवति. वदतु.
णिच् प्रत्ययः हेतुमति च इति सूत्रेण प्रेरणार्थे विधीयते. निश्चिति प्रत्ययस्य अनुबन्धलोपानन्तरम् इ एव अवशिष्यते. लिख् योगः इ, इदानीं लिखि, अत्र इदानीम् आर्थधातुकप्रत्ययः परे अस्ति इति कारणात् अयं प्रत्ययः सार्वधातुक प्रत्ययः अपि अस्ति नास्ति.
णिच् प्रत्ययस्य योजनेन नूतनधातोः निर्माणं भवति. णिच् प्रत्ययस्य योजनम् इति आर्धधातुकप्रक्रिया, इत्युक्ते णिच् इति प्रत्ययः आर्धधातुकप्रत्ययः, अतः एषा प्रक्रिया इत्युक्ते नूतनधातोः निर्माणपर्यन्तम् आर्धधातुकप्रक्रिया एव, इत्युक्ते धातोः परम् आर्धधातुकप्रत्ययः अस्ति, आर्धधातुक णित् प्रत्ययः अस्ति, इगुपदधातुः अस्ति. वदतु.
इगुपद लिख् योगः इ इति अस्ति. लिख् उपधायां लिख् वर्णः अस्ति, अनन्तरम् आर्थधातुकप्रत्ययः अस्ति इति कारणात् सार्वधातुक आर्थधातुकयो क्षम्यतां पुबन्धलिखुपदस्य च इति सूत्रेण गुणकार्यं भवति. अतः लेखि इति नूतनधातुः, निजन्तधातुः प्राप्तम्. इदानीं तस्य सार्वधातुकप्रत्ययः प्रक्रिया अग्रे वदामि. चुरादिगणस्य विकरणप्रत्ययः अस्ति शप्, कर्तरिशप् इति सूत्रेण विधीयते.
भगिनि, तत्र लेखि इति नूतनधातुः, णिच् इति प्रत्ययस्य योजनेन नूतनधातोः निर्माणं भवति. लेखि इत्यत्र इकारः अस्ति, सः इकारः णिच् प्रत्ययात् आगतः इकारः, न तु इडागमप्रसङ्गः. णिच् प्रत्ययस्य इडागमयोग्यत्वम् अस्ति वा, आर्धधातुकप्रक्रिया अस्ति इति कारणतः आर्धधातुकप्रक्रियायाम् इडागमचिन्तनम् अवश्यं करणीयम्. णिच् प्रत्ययः कीदृशः, इडनुकूलः वा न वा?
इडनुकूलः नास्ति.
किमर्थं नास्ति?
वलादि अस्ति चेदेव इडागमः भवति. आर्धधातुकप्रत्ययः वलाद् वल् प्रत्याहारे ईकारः अस्ति, अचुवर्णः अस्ति.
उत्तमम्. अवलादिः अजादिः अस्ति इति कारणतः इडनुकूलः नास्ति, णिच् प्रत्ययः इडनुकूलः नास्ति. इदानीं नूतनधातुः लेखि इति साधितवती. प्रथमपुरुष एकवचनरूपं साधनीयं, लेखयति इति रूपं साधनीयं. वदतु.
लेखि योगः तिप् इति स्थितिः अस्ति. इदानीं मध्ये कोऽपि अन्य किमपि नास्ति, व्यवधानं नास्ति इति कारणात् मध्ये शप्रत्ययः आगच्छति. शप्रत्ययस्य अनुबन्धलोपानन्तरम् अकारः एव अवशिष्यते. लेखि योगः आ योगः ति इति अस्ति. तत्र इदानीं सन्धिकार्यस्य अवसरः अस्ति. लेखि इत्यत्र इकारस्य अनन्तरम् अकारः अस्ति इति तस्मात् पूर्वं लेखि इत्यत्र लेखि लिख् इति अस्ति. लेखि इकारस्य गुणकार्यं भवति, गन्धधातुः अस्ति. इदानीं
लिख् धातुतः लेखि इति नूतनधातोः निर्माणम् अभवत्. इदानीं लेखि इति नूतनधातुः, अस्माकं विवक्षा प्रथमपुरुष एकवचनरूपसिद्धिः, अतः तिप् प्रत्ययं योजयामः. लेखि योगः तिप्, तिप् इति प्रत्ययः कर्त्रार्थकसार्वधातुकप्रत्ययः, कर्तृर्धकसार्वधातुकप्रत्ययः अस्ति चेत् तं प्रत्ययं निमित्तीकृत्य कर्तरि शप् सूत्रेण शप् आगन्तुं शक्नोति. अतः लेखी योगः शप् योगः तिप्, लेखी योगः आयोगः ति इति स्थितिः अस्ति. इदानीं सन्धिकार्यं वदतु. लेखी योगः आयोगः ति.
तस्मात् पूर्वम् इदानीम् इगन्धधातुः अस्ति इति कारणात् गुणकार्यं भवति. लेख
तत् सर्वम् अभवत् पूर्वमेव अभवत् लिख् लिख् धातुतः लेखी पर्यन्तं पूर्वमेव साधितवती.
हा इदानीम् इकारस्य स्थाने एकारः आगच्छति गुणादेशः भवति सार्वधातुक अर्थधातुकयोः इति सूत्रेण गुणकार्यं भवति इकारस्य स्थाने एकारः भवति एकारस्य अनन्तरम् अकारः अस्ति इति कारणात् इदानीं यान्तवाद् आदेशसन्धि भूत्वा ऐ आदेशः भवति ऐ योगः आ अया इति भवति लेख् योगः आ अया योगः ति लेखयति इति रूपम्.
शप् इत्यस्मिन् प्रत्यये शित्वमस्ति पित्वमस्ति इति कारणतः शप् प्रत्ययं निमित्तीकृत्य लेखी इगन्तमङ्गमस्ति लेखी इति इगन्तमङ्गम् लेखी इति इगन्तमङ्गमस्ति नूतनधातुः अस्ति तत्र शप् प्रत्ययं निमित्तीकृत्य लेखी इति धातुरूपी नूतन अङ्गे गुणकार्यं भूत्वा लेखे भवति तत्र सन्धिकार्यमस्ति. अस्तु भवती जानाति एव उत्तमम्. इदानीं तुमुन्नन्तं रूपं साधनीयं. नरसिंह हेग्डे महोदय तुमुन्नन्तं रूपं साधयतु.
तत्र तुमुन्नन्त लिख्योग तुमुन् तुमुन् मध्ये सकारस्य नकारस्य संज्ञा भवति परन्त्यमित्यनेन उकार उच्चारणार्थं तुम् एव अवशिष्यते. लिख्योग तुम् तुम् इति आर्धातुकप्रत्ययः अस्ति सार्धातुकं शेष इति सूत्रेण. अनन्तरं कृत् प्रत्ययः अपि अस्ति कृतिङ् इति सूत्रेण आर्धातुक कृत् प्रत्ययः अस्ति. इदानीं इडागम चिन्तयामः चेत् तुम् इति तकारवलादि अस्ति अतः आर्धातुकसेड् वलादे इत्यनेन इडागमस्य प्रसक्ति कृत् प्रत्यये अस्ति इति कृत्वा नेडोशीकृति इति सूत्रमपि द्रष्टव्यं. तत् तकारावाशादि अस्ति अतः इडागमस्य प्रसक्ति. लिक् धातु इति लिक् धातु अपि इडनुकूल इति वयं दृष्टवन्तः. इदानीं लिक् योग ई योग तुम् लिक् योग इतुं तत्र तुम् इति आर्धधातुकप्रत्ययः अस्ति इति कृत्वा लिक् इति उपादायं प्रस्वीकरणम् अस्ति अतः पुगन्तलोपदस्य चेतुत्रेण गुणः भूत्वा लेख् योगयितुं लेखितुम् इति रूपं भवति महोदय.
उत्तमं लेखितुम् इति रूपं भवति. तुमुन् प्रत्ययस्य प्रसङ्गे इतोपि भवान् जानाति चेत् किञ्चित् वदतु. तुमुन्नन्तपदानि कीदृशानि पदानि भवन्ति?
इतोपि न जानामि महोदय.
तुमुन्नन्तपदानि अव्ययपदानि भवन्ति इत्युक्ते तुमुन् प्रत्ययान्तशब्दाः अव्ययसंज्ञकाः भवन्ति. तुमुन्नन्तपदानि क्रियायाः भावं दर्शयन्ति. पूर्वं वयं पठितवन्तः खलु कर्तरीकृत् इति एकं सूत्रमस्ति. कर्तरीकृत् इति सूत्रेण सामान्यतया कर्तरीकृत् सूत्रेण कृत् प्रत्यययुक्ताः शब्दाः इत्युक्ते यस्य पदस्य अन्ते कृत् प्रत्ययः अस्ति तानि पदानि कर्तृपदस्य विशेषणानि भवन्ति सामान्यतया. तुमुन् प्रत्ययः अपि कृत् प्रत्ययः एव इत्युक्ते धातुभ्यः विधीयमानः प्रत्ययः तुमुन् प्रत्ययः. किन्तु तिङ् नास्ति. कृदतिङ् सूत्रेण अतिङ् प्रत्ययः अतः कृत् प्रत्ययः. कृत् प्रत्ययः अस्ति चेदपि तुमुन्नन्तपदानि कर्तृपदस्य विशेषणानि न भवन्ति. तुमुन्नन्तपदानि अव्ययपदानि भवन्ति. अव्ययकृतो भावे इति एका भाष्योक्ति अस्ति. अव्ययकृतो भावे इति भाष्योक्तिना अव्ययसंज्ञकाः कृदन्ताः क्रियायाः भावं दर्शयन्ति. अव्ययकृतो भावे भाष्योक्तिना एतानि पदानि क्रियायाः भावं दर्शयन्ति. लेखितुम् इति लेखनक्रियायाः भावं दर्शयति न तु कर्तृपदस्य विशेषणम्. तुमुन्नन्तपदानि कर्तृपदस्य विशेषणानि न भवन्ति. उदाहरणार्थम् एकं वाक्यं वदामि. अध्यापकः छात्रं लेखितुं कथयति. लेखितुं कथयति इत्युक्ते लेखनक्रियायाः भावं दर्शयति. अपि च तुमुन्नन्तपदं कृण्मे जन्तः इति सूत्रेण अव्ययपदं भवति. कृण्मे जन्तः इति सूत्रं किं वदति? येषां येषां कृत् प्रत्ययानाम् अन्ते मकारः अस्ति, अत्र पश्यन्तु तुमुन् इत्यत्र नकारः इति संज्ञकः, अनुबन्धलोपे सति तुम् एव अवशिष्यते, अयं प्रत्ययः मकारान्त कृत् प्रत्ययः. येषां येषां कृत् प्रत्ययानाम् अन्ते मकारः अस्ति, अपि च येच् प्रत्याहारस्थवर्णः कृत् प्रत्ययस्य अन्ते अस्ति चेत्, तादृशप्रत्ययः धातुभ्यः विधीयते चेत्, तदा निर्मितानि पदानि अव्ययसंज्ञकपदानि भवन्ति. कृण्मेजन्तः इति सूत्रेण मकारान्तकृत् प्रत्ययाः एजन्तकृत् प्रत्ययाः धातुभ्यः विधीयन्ते चेत् तादृशरीत्या निर्मितानि पदानि अव्ययसंज्ञकपदानि भवन्ति. लेखितुम् इति अव्ययपदम्. अपि च एकं सूत्रमस्ति तुमुन् प्रत्ययस्य विधानार्थं, तुमुन् नुवुलौ क्रियायां क्रियार्थायाम् इति सूत्रमस्ति. तुमुन् नुवुलौ क्रियायां क्रियार्थायाम् इति सूत्रेण तुमुन् प्रत्ययः विहितः भवति. क्रियार्था क्रिया स्यात्, लेखितुं कथयति, क्रियार्था क्रिया आवश्यकी. अपि च इदं सूत्रं भविष्यति इति अधिकारसूत्रस्य परिधौ अस्ति. भविष्यति इति अधिकारसूत्रमस्ति, तस्मिन् परिधौ इदं सूत्रमस्ति. तुमुन् नुवुलौ क्रियायां क्रियार्थायां, तेन विधिसूत्रेण तुमुन् प्रत्ययः सर्वेभ्यः धातुभ्यः विहितः भवति. समानकर्तृकेषु तुमुन् खलु, किञ्चित् वदतु तस्मिन् प्रसङ्गे.
अधिकं न जानामि, परन्तु तत्र एकम् एव कर्ता अस्ति चेत् तत्रापि तुमुन् प्रत्ययस्य वयं उपयोगं कर्तुं शक्यते. इत्युक्ते एकम् एव कर्ता कार्यद्वयं करोति चेत् तत्र यथा रामः गन्तुम् इच्छति इति तत्र समानकर्ता अस्ति चेत् तत्रापि तुमुन् इति प्रत्ययः विधीयते.
अहं पठितुं गच्छामि
इत्युक्ते एककार्यं कार्यार्थम् अन्यत् कार्यम् अपि करणीयं, तादृशसन्दर्भः एतत् अस्ति तत्र.
तत्र सूत्रद्वयमस्ति, तुमुण्णुवुलौ क्रियायां क्रियार्थायाम् इति सूत्रं भिन्नं. क्रियायां क्रियार्थायाम् इति कथनेन क्रिया डन् फर् अदर् क्रिया, तादृशी स्थितिः आवश्यकी. रिलेशन्शिप् अस्ति, अहं पठितुं गच्छामि इत्यत्र पठनक्रिया अस्ति, गमनक्रिया अस्ति. यद्यपि क्रियाद्वयमस्ति, क्रियार्था क्रिया अस्ति चेदेव अस्य सूत्रस्य प्रयोगः भवति. क्रियार्था क्रिया नास्ति चेत् इदं सूत्रं कार्यं न करोति इति एका वार्ता. किन्तु नीलं भगिन्या किमुक्तं, समानकर्तृकेषु तुमुन् इति सूत्रमपि ज्ञातव्यम् इति उक्तवती, तस्मिन् प्रसङ्गे वदतु समानकर्तृकेषु तुमुन्.
अत्र एकः एव कर्ता इति अर्थः आगच्छति वा अथवा कर्ताद्वयम्?
शुभदा भगिनी वदतु समानकर्तृकेषु तुमुन्.
बहु किमपि न जानामि भगिनी.
समयाभावात् अग्रे सरेम. णुवल् प्रत्ययान्तरूपं साधनीयं. सुन्दरमहोदय भवान् वदतु, लिख् धातुतः णुवल् योजनेन किं भवति?
लिख् धातुतः णुवल् प्रत्ययस्य योजनेन लिख् योगे णुवल् णकारः णकारः चुटु इति सूत्रेण इत्संज्ञा भूत्वा अपगच्छति, लोपः भवति. लकारः अपि हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति, ऊ एव अवशिष्यते. युवोरोनाकौ इति सूत्रेण अक इति आदेशः भवति, अक इत्येव अवशिष्यते. अधुना णुवल् प्रत्ययः अतिङ् प्रत्ययः इति कारणेन कृदतिङ् इति सूत्रेण णुवल् प्रत्ययः कृत् प्रत्ययः अस्ति. एवम् अतिङ् तिंशित् नास्ति इति कारणेन सः तिंशित् सार्वधातुकम् इति सूत्रं तस्य कार्यं न करोति. आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकसंज्ञकः प्रत्ययः णुवल् प्रत्ययः आर्धधातुकसंज्ञकः अपि अस्ति, एवं कृत् प्रत्ययः अपि अस्ति इति कारणेन आर्धधातुक कृत् प्रत्ययस्य प्रक्रिया अत्र कार्यं करोति. इति प्रथमम् इदित् सोरि प्रथमम् इडागमचिन्तनं करणीयम् इति वार्ता एवम् सियेड् वलादेः आर्धधातुक सियेड् वलादेः इति सूत्रेण अक एव स्वीकरणीयम् आर्धधातुक सियेड् वलादेः इति सूत्रेण आर्धधातुक अत्र वल् वल् प्रत्याहारे अक इति अ इति वर्णः वल् प्रत्याहारे नास्ति नास्ति इति कारणेन सः नुल् प्रत्ययः वलादिः नास्ति इति कारणेन इट् संज्ञा इडागमः न भवति इडानुकूलः नास्ति इडानुकूलः नास्ति इति कारणेन सः अनिट् प्रत्ययः अनिट् प्रत्ययः लिख् अपि लिख् धातुः कीदृशः प्रत्ययः लिख् धातुः कीदृशः धातुः तत्र इडानुकूलः धातुः किमर्थं चेत् सः तत्र उदात्तात् इति उदात्त चिह्नः अस्ति इति कारणेन अनिट्
उदात्तचिह्नम् अस्ति इति न वक्तव्यं धातुः एकाच् उदात्तः उदात्तः इति चिह्नं किमपि नास्ति स्वरितचिह्नं नास्ति अधोभागे अनुदात्तचिह्नं नास्ति धातुः एकाच् अस्ति लिख् इत्यत्र एकः एव अच्वर्णः अस्ति उपदेशावस्थायाम् अपि च उदात्तः अस्ति धातुपाठं पश्यामश्चेत् लिख् धातोः रूपं पश्यामश्चेत् तत्र किमपि चिह्नं नास्ति इति कारणतः एकाच् उदात्तः अतः सेट् वदतु
एकाच् उदात्तः इति कारणतः सः सेट् भवति धातुः सेट् अपि च प्रत्ययः अनिट् भवति इति कारणेन सः इडानुकूलः न भवितुम् अर्हति अधुना लिख योगे अक इति भवति नुल् प्रत्ययः कित् भिन्नः
नित् प्रत्ययः खलु आर्धधातुक णित् प्रत्ययः कित् नित् नास्ति इणित् नास्ति तावदेव आर्धधातुक णित्
णित् प्रत्ययः णुवल् प्रत्ययः णित् प्रत्ययः अस्ति इति कारणतः अतो णिति इति सूत्रेण
अचो इणिति इति प्रसक्तिः अत्र किमर्थमस्ति धातुः लिख् धातुः दिगुपदम् अङ्गम् अस्ति अचो इणिति इति सूत्रस्य कार्यम् अजन्तम् अङ्गम् अस्ति चेदेव
अत्र न कार्यं करोति तत्र गुणकार्यं भवति कित् ङित् भिन्नः न
लिखित्यत्र केन सूत्रेण गुणकार्यं भवति णुवल् प्रत्ययं निमित्तीकृत्य
णुवल् प्रत्ययं निमित्तीकृत्य केन सूत्रेण पुगन्तलघुपदस्य च इति सूत्रेण सूत्रेण गुणकार्यं भवति अत्र लिख् धातुः इगुपदधातुः इति कारणतः तत्र प्रसक्तिः अपि अस्ति अत्र प्रत्ययेन प्राप्तिः अपि अस्ति इति कारणेन गुणः भवितुम् अर्हति एवं लिख् योगे अक इति भवति लिख् गुणः भूत्वा लेख् भवति लेख् योगे अक लेखकः इति अन्तिमं रूपं सिद्ध्यति
बहु सम्यक् लेखक इति प्रातिपदिकं लेखकः इति प्रथमाविभक्ति एकवचनरूपम् अस्ति. अचोयिणिति इति सूत्रम् उक्तवान् खलु महोदय. नी धातुतः नायकः नी इति धातुः अस्ति. नी धातुः इगन्तधातुः अपि च अजन्तधातुः. नी धातोः प्रसङ्गे एव अचोयिणिति इति सूत्रेण नायक इति रूपं सिद्ध्यति. किन्तु लिख् धातोः प्रसङ्गे लघु इगुपधमाङ्गम् अस्ति इति कारणतः पुगन्तलघुपधस्य च सूत्रेण गुणकार्यं भूत्वा लेखकः इति रूपं सिद्ध्यति. नुवल् प्रत्ययस्य प्रसङ्गे ज्ञातव्याः अंशाः केचन सन्ति. नुवल् इति प्रत्ययस्य योजनेन यत् पदं सिद्ध्यति तत् पदं कर्तृपदस्य विशेषणं भवति. इत्युक्ते नुवल् प्रत्ययः कर्त्रार्थकप्रत्ययः. नुवल् प्रत्ययान्तशब्दः अव्ययं न भवति. नुवल्लन्तं पदम् अव्ययं नास्ति. कर्तारं बोधयति. कर्तृपदस्य विशेषणं भवति. कर्तरीकृत् सूत्रेण नूल् प्रत्ययान्तशब्दः कर्तृपदस्य विशेषणं भवति. कर्त्रार्थकप्रत्ययः एषः. एकम् उदाहरणं वदामि. महाभारतस्य लेखकः गणेशः. गणेशः महाभारतस्य लेखकः. लेखकः गणेशः. द्वयोर्मध्ये सम्बन्धः कः? विशेषणविशेष्यभावः. कर्तारं बोधयति. गणेशः महाभारतस्य लेखकः. अष्टाध्याय्याः लेखकः पाणिनिः. पाणिनिः अष्टाध्यायीं लिखितवान्. पाणिनिः अष्टाध्याय्याः लेखकः. तत्र पाणिनिः लेखकः. द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति. नूल् प्रत्ययान्तशब्दः कर्तारं बोधयति इति एकः विषयः. वाक्यं पश्यन्तु. महाभारतस्य लेखकः. किमर्थं तत्र षष्टिविभक्तिः इति प्रश्नः उदेति. साधारणवाक्यं किम् अस्ति? गणेशः महाभारतं लिखति. गणेशः महाभारतं लिखति इत्यस्मिन् वाक्ये महाभारतम् इति कर्मपदमस्ति. महाभारतं लिखति इत्यत्र महाभारतम् इति कर्मपदमस्ति. किन्तु नुवलन्तपदं योजयित्वा वाक्यं रचयामश्चेत् महाभारतस्य लेखकः गणेशः. तत्र षष्टिविभक्तिः केन सूत्रेण आयाति इति प्रश्ने सति कर्तृकर्मणोः कृति इति एकं सूत्रमस्ति. कर्तृकर्मणोः कृति इति सूत्रेण सर्वेषां कृत् प्रत्ययानां प्रयोगसमये कर्मपदस्य षष्टिविभक्तिः भवति. अत्र महाभारतम् इति कर्मपदमस्ति. अतः कर्मपदस्य षष्टिविभक्तिः भवति. सर्वेषां कृत् प्रत्ययानां प्रयोगसमये कर्तृकर्मणोः कृति इति सूत्रेण कर्मपदस्य षष्टिविभक्तिः. तदर्थमेव महाभारतस्य लेखकः गणेशः. यः लिखति सः लेखकः. नुवल्लन्तं पदम् अव्ययं नास्ति. कर्तारं बोधयति इति विषयः. अपि च अत्रापि सूत्रद्वयं स्मर्तव्यं. विधिसूत्रद्वयं ज्ञातव्यं. णुवल् तृचौ इति सूत्रेण सर्वेभ्यः धातुभ्यः णुवल् प्रत्ययः विहितः भवति. अपि च तुमण्णुवलौ क्रियायां क्रियार्थायां सूत्रमपि द्रष्टव्यम्. इत्युक्ते वन् क्रिया डन् फर् अदर् क्रिया. तादृशी स्थितिः अस्ति चेदेव क्रियाद्वयमस्ति अपि च क्रियार्था क्रिया अस्ति चेदेव णुवल् प्रत्ययः विहितः भवति. तत् सूत्रं तुमन् प्रत्ययस्य कृते णुवल् प्रत्ययस्य प्रसङ्गे अपि आवश्यकम्. क्रियार्था क्रिया नास्ति चेत् णुवल् प्रत्ययः न प्रयुज्यते. तुमण्णुवलौ क्रियायां क्रियार्थायाम् इति सूत्रं भविष्यति इति सूत्रस्य अधिकारे अस्ति. लेखक इति प्रातिपदिकमस्ति. लेखक प्रातिपदिकं स्वीकृत्य लेखकः इति रूपं साधयितुं ससजुषोरुः खरवसानयोर्विसर्जनीयः इति सूत्रद्वयम् आवश्यकम्. प्रातिपदिकात् प्रथमाविभक्ति एकवचनरूपं साधयितुं ससजुषोरुः खरवसानयोर्विसर्जनीयः इति सूत्रद्वयम् अपेक्षितम्. इदानीं तृजन्तरूपं साधयामः. शुभदा भगिनी तृजन्तरूपं साधयतु.
क्षम्यतां भगिनि. इदानीं तुमन् प्रत्ययः अव्ययम् इति उक्तं. तदनन्तरं नवल् प्रत्ययः कर्तृविशेषविशेषम् इति उक्तं. तदा वयं कथं कृत्प्रत्ययानां प्रयोगम् अथवा अर्थः कथं ज्ञातुं शक्यते?
तदर्थं सूत्राणि सन्ति. कृण्मेजन्तः सूत्रेण तुमुन्नन्तं पदम् अव्ययं भवति. कर्तरीकृत् सूत्रेण सामान्यतया कृत् प्रत्ययान्तशब्दाः कर्तृपदस्य विशेषणानि भवन्ति चेदपि तत्र अपवादाः सन्ति. सामान्यनियमः भिन्नः, विशेषनियमाः सन्ति. भाष्योक्ति अस्ति. भाष्योक्तिना तुमुन्नन्तपदं क्रियायाः भावं बोधयति, न तु कर्तृपदस्य विशेषणं. तुमुन्नन्तपदं कर्तृपदस्य विशेषणं न भवति, केवलं क्रियायाः भावं बोधयति. णुवुल्लन्तं पदं कर्तृकृत्सूत्रेण कर्तृपदस्य विशेषणं भवति. सामान्यनियमः ज्ञातव्यः, पश्चात् इतोपि विशेषाः ज्ञातव्याः. कर्तृकृत् इति सामान्यसूत्रम्. सूत्रं प्रबाध्य अन्यानि सूत्राणि अपि कुत्रचित् आयान्ति.
इत्युक्ते कर्तरिकृत् इत्यनेन सूत्रेण अन्ये कृत् प्रत्ययः अपि
क्तवत् प्रत्ययः अस्ति. क्तवत् प्रत्ययः कृत् प्रत्ययः, कर्तार्थकप्रत्ययः. किन्तु क्ताप्रत्ययः कर्मार्थकप्रत्ययः. इत्युक्ते कर्तरिकृत् इति सूत्रं सामान्यसूत्रं, तत्रापि अपवादाः सन्ति. कर्तरिकृत् सूत्रेण सामान्यतया कृत् प्रत्ययान्तशब्दाः कर्तारं बोधयन्ति इति सामान्यनियमः, किन्तु अपवादाः सन्ति. तुमन् प्रत्ययः एकः अपवादः. तुमन् प्रत्ययेन क्रियायाः भावमेव ज्ञातुं शक्नुमः. अस्तु, तृजन्तरूपं साधनीयं. शुभदा भगिनी वदतु.
तृजन्तरूपं, तृच् इति प्रत्ययः, लिख् इति धातुः. लिख् इति धातुः एकाच उपदेशेनुदात्तात् इत्यनेन एकाच अस्ति, अपि च अनुदात्तः अस्ति. अवशिष्टस्वराः एकाच् अपि अनुदात्तः अस्ति इति कारणात् तस्य इडागमः भवति. धातुः सेट् भवति, लिख् इति सेट् धातुः. तृच् इति प्रत्ययः, तृच् इति कृदतिङ् इत्यनेन तृच् इति तिङ् प्रत्ययः नास्ति इति कृत्वा कृत् प्रत्ययः भवति. अपि च तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञा अस्ति, परन्तु अत्र आर्धधातुकं शेषः इत्यनेन तस्य आर्धधातुकसंज्ञा अपि भवति. अतः तृच् इति कृत् आर्धधातुकप्रत्ययः, कृत् आर्धधातुकप्रत्ययः. अधुना कृत् तृच् इति, तृच् इत्यस्मात् चकारस्य इत्संज्ञा भवति हलन्त्यम् इत्यनेन. ऋ इति
तृ इति अवशिष्यते.
तृ इति अवशिष्यते. अस्तु, हा,
अयं प्रत्ययः आर्धधातुकः. इतोपि वर्णयतु प्रत्ययस्य स्वभावः कीदृशः अस्ति.
अपि च वलादिप्रत्ययः, वलादिप्रत्ययः तकारः वल् प्रत्याहारस्थवर्णः. अतः वलादि आर्धधातुकः, वलादि आर्धधातुकः, अपि च कृत् प्रत्ययः. ऋजन्त् अजन्तप्रत्ययः.
अस्मिन् पुटे एकं चित्रमस्ति खलु, चित्रस्य आधारेण किं वक्तुं शक्यते आर्धधातुक कित् नित् णित् णित् भिन्नः?
हा हा,
किमर्थं तथा वक्तव्यं? कित् नित् अस्ति चेत् किं भवति, णित् नित् अस्ति चेत् किं भवति, तेभ्यः भिन्नः अस्ति चेत् अन्यत् कार्यं खलु?
आमां,
वदतु.
तृच् इति, तृच् इत्यस्मात् चकारस्य संज्ञा भवति, अतः तत्र ककारस्य वा ङकारस्य वा अपि च ञकारस्य णकारस्य वा इत्संज्ञा नास्ति. अतः तृच् इति कित् ङित् यित् णित् भिन्नः अस्ति. कित् ङित् अस्ति चेत् किङिति च इत्यनेन गुणवृद्धिनिषेधः भवति. यित् णित् अस्ति चेत् अजन्तस्य अङ्गस्य वृद्धिः भवति, अपि च अदन्त उपधाया उपधायां स्थितः ह्रस्व अकारस्य वृद्धिः भवति. परन्तु एते सर्वे, एतानि सर्वाणि कार्याणि अत्र न भवति, यतोहि तृच् इति कित् ङित् यित् णित् भिन्नप्रत्ययः अस्ति इति कृत्वा तस्य एकमेव कार्यं भवति सार्वधातुकार्धधातुकयोः इत्यनेन गुण.
सार्वधातुकार्धधातुकयोः सूत्रेण भवति वा?
अङ्गम् इगन्तम् अस्ति चेत् सार्वधातुकार्धधातुकयोः, अथवा पुगन्तलघुपदस्य च इत्यनेन उपधायां स्थितः लघु इक् इक् प्रत्याहारस्थवर्णस्य गुणः भवति.
लिख् धातोः प्रसङ्गे
लिख् इति इगुपधधातुः, उपधायां लघु इकारः दृश्यते, अतः लिख् योगः तृच्. तृच् इति यित्णित् भिन्नः अस्ति इति कारणात् केवलं पुगन्तलघुपधस्य च इति सूत्रेण उपधायाः गुणः भवति, अतः लिख् इत्यस्य लेख भवति, लेख् योगः तृच्. लेख योगः तृच्. तृच् इति इडनुकूलः प्रत्ययः, वयं दृष्टवन्तः वलादि आर्धधातुकप्रत्ययः, अतः आर्धधातुकस्येट् वलादेः इत्यनेन तत्र इडागमस्य प्रसङ्गः अस्ति. अपि च धातुः अपि सेट् अस्ति इति कृत्वा तत्र इडागमः भवति, अतः लेख् योगः इ योगः तृच्. तृच् इत्यस्मात् तृ इति अवशिष्यते, लेखि इति भवति, लेखि तृ.
प्रत्ययस्य इडागमः,
प्रत्ययस्य इडागमः भवति. आम्,
इट् इति टित् अस्ति इति कारणतः आद्यन्तौ टकितौ इति सूत्रेण टित् आगमाः प्रत्ययस्य आदौ आयाति. इत्रु वदतु.
आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आद्यावयवः भवति, अतः प्रत्ययस्य आदौ आगत्य तिष्ठति. तत्र इट् त्रु इति भवति, तदा टकारस्य इत्संज्ञा तस्य लोपः, हलन्त्यम् इत्यनेन इत्संज्ञा तस्य लोपः, लोप् इत्यनेन लोपः कृत्वा इ इति अवशिष्यते, इ तृ इति भवति, लेख इ तृ इति भवति. तृ इत्यस्य
तदेव प्रातिपदिकं, वर्णानां मेलनं भूत्वा, वर्णमेलनं भूत्वा,
वर्णमेलनं भूत्वा लेखितृ इति भवति. तत्तु प्रातिपदिकं भवति, लेखितृ इति प्रातिपदिकं. तदनन्तरं रुदन्तप्रातिपदिकं भवति इति कृत्वा तत्र कानिचन सूत्राणि तत्र सन्ति. अनङ्गादेशः, उपधादीर्घः इति कार्याणि भवति, तत्सर्वं भूत्वा लेखिता इति रूपं भवति.
उत्तमं. सुबन्तप्रक्रियायाः प्रसङ्गे वक्तुम् इच्छति वा?
आं भगिनि, प्रयत्नं करोमि. लेखितृ इति प्रातिपदिकं वयं प्राप्नुमः. तदनन्तरं तस्य प्रथमाविभक्ति एकवचनस्य विवक्षायां स्वौजसमोट् इति दीर्घं सूत्रमस्ति, तस्मात् सु इति प्रत्ययः, लेखितृ योगः सु. अत्र तृ लेखितृ इति रुदन्त अस्ति अत्र, अतः तत्र अनङादेशः भवति. रुदुषन स्पृदंसो नेहसाञ्च इति एकं सूत्रं, तेन तत्र अनङादेशः भवति. अनङादेशः भवति, तत् अनङादेशः ङित् अस्ति इति कृत्वा तत् प्रातिपदिकात् अनन्तरम् आगच्छति. नो, क्षम्यताम्, अनङादेशः ऋदुषनस्पृदंसो नेहसाञ्च इत्यनेन अनङादेशः भवति. अनङ् इति
अनङ् इत्यत्र इत्संज्ञकवर्णाः सन्ति खलु,
ङकारस्य इत्संज्ञा भवति, ङकारस्य इत्संज्ञा भवति इति कृत्वा ङित् अस्ति.
सर्वनामस्थाने परे उपधादीर्घत्वं भवति खलु.
मम प्रश्नः, अन इति लेखितृ इत्यस्मात् परम् आगच्छति, परन्तु केन सूत्रेण इति वयं विस्मृतवती. अत्यन्तौ टकितौ इति टित् अथवा कित् इति इत्यस्य प्रत्ययस्य कृते, मित् अत्र अनङ् इत्यस्य ऋदुशनस्पृदंसो नेहसाञ्च तस्मिन् किमपि अस्ति वा इति.
अग्रे वदतु. अप्तृ एकं दीर्घं सूत्रमस्ति खलु,
अप्तृन् तृच्, परन्तु अत्र तस्य प्रसङ्गः नास्ति भगिनि. किमर्थं चेत् तत्र ये शब्दाः तस्मिन् सूत्रे पठिताः सन्ति तेषां कृते एव तत् सूत्रम्. अप्तृन् तृच् तृजन्त अस्ति खलु.
तेन सूत्रेण ऋकारान्तस्य अङ्गस्य सर्वनामस्थाने परे उपधादीर्घत्वम्,
उपधादीर्घत्वम् आम्, तृजन्तः अस्ति. अप्तृन् तृच् इति एकं दीर्घं सूत्रं तेन उपधा दीर्घः भूत्वा अन् इति अस्ति तस्य आन् इति भवति. अनङ् इत्यस्मात् अन् अस्ति तस्य आन् भवति. अतः लेखितृ क्षम्यताम् अनङादेशः तृजन्त ऋकारस्य स्थाने अनङादेशः भवति. अस्तु अस्तु क्षम्यतां विस्तृतवती. लेखितृ इत्यस्मात् तकारोत्तरवर्ती यः ऋकारः अस्ति तस्य स्थाने अनङादेशः ऋकारस्य स्थाने. अतः लेखित् अनङ् इति भवति. अनङ् इत्यस्मात् ङकारः अपगच्छति अन् इति तिष्ठति. लेखितन् इति भवति.
अनन्तरं लेखितान् भवति.
लेखितान् भवति. अपि च सु इति प्रत्ययः अस्ति तस्य हल्ग्याभ्यो दीर्घात् सुतिस्य प्रोक्तं हल् इत्यनेन
उकारस्य लोपः.
अतः लेखितान् इति भवति. लेखितान् इति अधुना पदमस्ति अतः न लोपः प्रातिपदिकान्तस्य इत्यनेन न लोपः भवति. लेखिता इति अन्तिमं रूपं भवति.
बहु सम्यक्, धन्यवादः भगिनी. सुबन्तप्रक्रियायाः प्रसङ्गे एतत् सर्वं ज्ञातव्यं. चिन्ता मास्तु, अग्रे वयं सर्वे मिलित्वा ज्ञातुं शक्नुमः. अस्तु, इदानीम् इतोपि कानिचन रूपाणि सन्ति. नीलं भगिनी, इदानीं वक्तुमिच्छति वा क्ताप्रत्ययान्तरूपं साधयतु लिखधातुतः क्तान्तरूपम्?
क्ताप्रत्ययस्य विषये तत्र ककारः इत्संज्ञा इति सूत्रेण ककारस्य इत्संज्ञा भवति. तत्र ता एव अवशिष्यते. ता इति प्रत्ययः तकारान्त आदौ अस्ति. आदिं वर्णः तकारः अस्ति, फलादि अस्ति. तिङ् समूहे न आयाति, अतः कृदतिङ् इति सूत्रेण कृत् प्रत्ययः अस्ति. अवशादि अस्ति इत्युक्ते वश् प्रत्याहारस्य वर्णः आदौ नास्ति, अत्र इडानुकूलः प्रत्ययः. धातु अपि वयं दृष्टवन्तः, तत्र यः इकारः लिख् इति यः उपधायाम् इकारः अस्ति सः उदात् इकारः, अतः षट् अस्ति. अतः अत्र इडागमः भवति. लिख् योग कुर्मः चेत् इडागमः प्रत्यस्य आदेश प्रत्यस्य आगमः. अतः प्रथमसोपाने एव इकारः इति भवति. लिख् योग इत. इदानीं प्रत्ययः कित् अस्ति, अतः तत्र गुणस्य कृते बाधः भवति. तत्र किनीति च सूत्रद्वारा गुणस्य कृते बाधा, अतः अत्र गुणप्रसङ्गः नास्ति. केवलम् अत्र कोऽपि अन्यकार्यं नास्ति, अतः अत्र वर्णमेलने किं भवति लिखिता इति प्रातिपदिकं सिद्ध्यति.
उत्तमं, लिखिता प्रातिपदिकं स्वीकृत्य सुबन्तरूपाणि साधयितुं शक्नुमः. कताप्रत्ययः निष्ठासंज्ञकप्रत्ययः. निष्ठा इति एका संज्ञा अस्ति. निष्ठा इति सूत्रं. संस्कृतव्याकरणे बहवः संज्ञाः सन्ति, तेषु अन्यतमा संज्ञा अस्ति निष्ठासंज्ञा. निष्ठा इति सूत्रमस्ति. कता कथवतु निष्ठा इति सूत्रेण निष्ठासंज्ञकक्ताप्रत्ययः सर्वेभ्यः धातुभ्यः विहितः भवति. आदौ प्रातिपदिकनिर्माणं भवति, पश्चात् सुबन्तप्रक्रियाम् उपयुज्य सर्वाणि सुबन्तरूपाणि साधयितुं शक्नुमः. लिखित इति प्रातिपदिकं, कृदन्तप्रातिपदिकं. क्तवतु रूपं साधयतु.
क्तवतु विषये तत्र आदिं वर्णः ककारः अस्ति. तत्र तवतु यः प्रत्ययः ककारस्य लशकु आत् अदिते इति सूत्रेण संज्ञा. अन्ते यः उकारः अस्ति तस्य उपदेश अजनुनासिक इति सूत्रेण इत्संज्ञा. तयोः लोपः भवति तस्य लोपः इति सूत्रेण. सो तत्र तवत् इति अवशिष्टभागः, तवत् इति अवशिष्टभागः अस्ति. तवत् अपि प्रत्ययः निरनुबन्धरूपः, तत्र तकारः दृश्यते. आदिं वर्णः वलादि अस्ति, अवशादि अस्ति, अतः इडनुकूलः प्रत्ययः. अर्धधातुकस्य से वलादेः इति सूत्रेण तत्र प्रत्ययः इडनुकूलः. अतः अत्रापि लिख् योग तवतु कुर्मः चेत् तत्रापि इकारस्य आगमः आदौ एव भवति. सो तवतु इति प्रत्ययः अपि कित् अस्ति, अतः किनिति च सूत्रद्वारा गुणवाद लिखयोग ईयोग तवत् सो लिखितवत् इति तकारान्त प्रातिपदिकं भवति.
उत्तमं. लिखितवत् इति तकारान्त प्रातिपदिकमस्ति. लिखितवान् इति प्रथमाविभक्ति एकवचनरूपं पुंलिङ्गे भवति. पठितवान् इति रूपम् अस्ति खलु. प्रातिपदिकं तु पठितवत् इत्यत्र उपधादीर्घत्वं भवति. अत्वसन्तस्य च धातोः इति एकं सूत्रमस्ति. तेन सूत्रेण उपधादीर्घत्वं भवति. अपि च अन्यानि कार्याणि, नुमागमः अपि भवति. सुबन्तप्रक्रियायां तत्सर्वम् उक्तमस्ति. पठितवत् प्रातिपदिकं स्वीकृत्य पठितवान् पुंलिङ्गे, पठितवती स्त्रीलिङ्गे, नपुंसकलिङ्गे पठितवत् इत्यादीनि रूपाणि साधयितुं शक्नुमः. साधु भगिनी. अग्रे तव्यत् प्रत्ययान्तरूपं साधनीयं. सुन्दरमहोदय भवान् वदतु. तव्यत्
तव्यत् लिखयोगे तव्यत् इति भवति. तव्यत् तव्यत् प्रत्ययः अतिङ् प्रत्ययः इति कारणतः कृदतिङ् इति सूत्रेण तव्यत् प्रत्ययः अपि कृत् प्रत्ययः. एवं तिंशित् सार्वधातुकं नास्ति इति कारणेन सार्वधातुकम् आर्धधातुकं शेषः इति सूत्रेण तव्यत् प्रत्ययः आर्धधातुकप्रत्ययः. इदानीम् आर्धधातुक प्रत्ययः अपि अस्ति. एवं कृत् प्रत्ययः अपि अस्ति इति कारणेन आर्धधातुक कृत् प्रत्ययस्य प्रक्रिया भवति तव्यत् प्रत्ययस्य. एवम् अधुना आर्धधातुक स्येड् वलादेः इति सूत्रेण प्रत्ययस्य स्वभावः परिशीलनीयं. स्वभावं परिशीलनीयम् आर्धधातुकस्येड् वलादेः इति सूत्रेण. वलादिप्रत्यये यत्र तव्य तकारः वलादिप्रत्यये अस्ति, वल् प्रत्याहारे अस्ति इति कारणतः कृदतिङ् सोरि आर्धधातुक स्येड् वलादेः इति सूत्रे वलादि अस्ति. इडानुकूलः भवति. तदनन्तरं कृत् प्रत्ययस्य कृत् प्रत्ययः अस्ति इति कारणतः नेड् वशीकृति इति सूत्रेण वश् प्रत्याहारे हरे अस्ति वा इत्यपि परिशीलनीयम्. अत्र वश् प्रत्याहारे
तकारः वश् प्रत्याहारे नास्ति.
तकारः वश् प्रत्याहारे नास्ति इति कारणतः इडानुकूलः भवति. प्रत्ययः पूर्णतया इडानुकूलः भवति. एवं लिख् धातुः अपि इडानुकूलः भवति इति कारणेन सेट् प्रत्यय सेट् धातुः. किमर्थं चेत् तस्य कोऽपि चिह्नं नास्ति इति कारणेन उदात्तः अस्ति इति कारणतः सेट् धातुः अस्ति. लिख् धातुः सेट् धातुः अस्ति. लिख् योगे तव्यत् लिख् योगे तव्यत् भवति. तत्र इडानुकूलः प्रत्ययः अपि इडानुकूलः. एवं धातुः अपि सेड् धातुः अस्ति इति कारणेन लिख् योगे इडागमः ई लिख् योगे ई योगे त्वा इति लिखित्वा इति भवति. गुणस्य प्रसक्तिः नास्ति.
तव्यत् प्रत्ययः
हलन्त्यम् इति सूत्रेण तकारः इत्संज्ञा भूत्वा लोपः भवति. तव्य इत्येव अवशिष्यते. तव्य इति अवशिष्यते. तव्य इति प्रत्ययः लिख् इति धातु. ओके. तत्र गुणस्य प्रसक्तिः अस्ति वा इति तव्यत् इति प्रत्ययः
तव्यत् प्रत्ययः आर्धधातुक कित् नित् णित् नित् भिन्नप्रत्ययः इडागमः प्रत्ययस्य आदिम अवयवः भवति अतः लिखियोगः ईतव्य इति स्थितिः अस्ति लिखियोगः ईतव्य इदानीं वदतु
परन्तु गुणस्य प्रसक्तिः नास्ति तुदादि तुदादिगणीयधातुः इति कारणतः लिखधातोः
महोदय गणस्य प्रसक्तिः नास्ति किमर्थं चेत् एषा प्रक्रिया आर्धधातुकप्रक्रिया आर्धधातुकप्रक्रियायां गणचिन्तनं नास्ति केवलम् इडागमचिन्तनं भवति धातुः कस्मिन् गणे अस्ति इति चिन्तनम् अत्र अनावश्यकम् एषा प्रक्रिया आर्धधातुकप्रक्रिया लिख् धातोः परं तव्यत् प्रत्ययः अस्ति इडनुकूलप्रत्ययः अतः लिख् योगः ईतव्य इति स्थितिः अस्ति अपि च अयं प्रत्ययः आर्धधातुकसामान्यप्रत्ययः इत्युक्ते आर्धधातुक कित् नित् नास्ति आर्धधातुक इत् णित् नास्ति आर्धधातुक कित् नित् णित् नित् भिन्नः अपि च लघु इगुपदम् अङ्गमस्ति इति कारणतः गुणकार्यं भवितुं शक्नोति वदतु
गुणकार्यं भवितुम् अर्हति इति कारणेन पुगन्तलघुपदस्य च इति सूत्रेण गुणः भवति गुणः भूत्वा लिख् लेख् भवति लेख योगे ई योगे त्वा सॉरी तव्य लेखितव्य लेखितव्य इति प्रातिपदिकं सिद्ध्यति लेखितव्यः लेखितव्य तव्यं लेखितव्या त्रीणि रूपाणि अपि सिद्ध्यन्ति
तव्यत् रूपं साधितम् अनियर् रूपमपि साधयतु
अनियर् ओके लिख् धातुतः अनियर् प्रत्ययः योजनीयम् अनियर् इति प्रत्ययः कीदृशप्रत्ययः सः अपि कृत् प्रत्ययः कृदतिङ् इति सूत्रेण अतिङ् अतिङ् प्रत्ययः इति कारणतः अनियर् प्रत्ययः अपि कृत् प्रत्ययः एवम् तिंशित् नास्ति इति कारणतः आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकप्रत्ययः अनियर्प्रत्ययः आर्धधातुक कृत्प्रत्ययः इति कारणेन आर्धधातुक प्रक्रिया अत्र परिशीलनीया एवम् आर्धधातुक स्येड् पलवलादेः इति सूत्रेण प्रत्ययस्य स्वभावं परिशीलनीयम् आर्धधातुक स्येड् वलादेः इति सूत्रेण ओके वलादि प्रत्यये अनियर् प्रत्ययः अ इति प्रथमवर्णः इति वलादिप्रत्यये वल् प्रत्याहारे नास्ति इति कारणतः सः इडानुकूलः नास्ति परन्तु लिख् धातुः इडानुकूलः अस्ति एव सेट् धातुः परन्तु अनियर् प्रत्ययः इडानुकूलः नास्ति रेपः हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति अनिय इत्येव अवशिष्यते एवं लिख् योगे अनीय इति भवति अधुना अनीय इति आर्धधातुकप्रत्ययः भवति आर्धधातुकप्रत्ययः इति कारणतः सः गुणस्य प्रसक्तिः अस्ति किमर्थं पुगन्तलघुपदस्य च इति सूत्रेण गुणस्य प्राप्तिः भवितुम् अर्हति एवं लिख् धातुः अपि तस्य उपधायाम् इक् वर्णः अस्ति इ इति इक् वर्णः अस्ति इति कारणेन तत्रापि गुणस्य प्रसक्तिः अस्ति इति कारणतः लिख् लेख् भवति लेखनीय इति अन्तिमं रूपं लेख् भवति लेख् योगे अनीय लेखनीय लेखनीयं लेखनीया लेखनीयः सर्वाणि रूपाणि सिद्ध्यन्ति
उत्तमम् अत्र केवलं धातुः एव सेट् अस्ति, प्रत्ययः तु अनिट् प्रत्ययः, अकारादिप्रत्ययः अस्ति, अकारः वल् प्रत्याहारे नास्ति इत्यतः प्रत्ययः अनिट् प्रत्ययः. प्रत्यये आनुकूल्यम् आवश्यकम् इडागमः भवितुम्, धातौ अपि आनुकूल्यम् आवश्यकम्. अत्र प्रत्ययः अनिट् अतः इडागमः न भवति. लिखियोगः अनीय इति स्थितिः अस्ति. अनीय इति आर्धधातुकप्रत्ययः, आर्धधातुकप्रत्ययं निमित्तीकृत्य लिख् इति इगन्तधातौ पुगन्तलघूपधस्य च सूत्रेण गुणकार्यं भवति. पुगन्तलघूपधस्य च इत्यस्मिन् सूत्रे सार्वधातुकार्धधातुकयोः इति सूत्रस्य सम्पूर्णानुवृत्तिः अस्ति. अत्र आर्धधातुकप्रत्ययः अनियर्प्रत्ययः आर्धधातुकप्रत्ययं निमित्तीकृत्य लिख् इति इगुपधं धातुरूपी अङ्गम् अस्ति, तस्मिन् अङ्गे गुणकार्यं भवति. अतः लिख् लेख् भवति. लेखयोगः अनीय, लेखनीय प्रातिपदिकम् अस्तु. अग्रे सरेम. क्तिन् इति प्रत्ययान्तरूपं साधनीयम्, अत्र विशेषः अस्ति. नरेश् महोदय प्रयत्नं करोतु.
टिन् टिन् अत्रापि क्तिन् कित् अस्ति, ककारस्य यत् संज्ञा भवति. एतत् तिङ् प्रत्ययः नास्ति. क्रेदतिङ् सूत्रे तत् कृत् प्रत्ययः अस्ति, अपि च अत्र तिंशित् नास्ति, आर्धधातुकप्रत्ययः अस्ति. टिन् अत्र अपि टिन् कित् नित् अस्ति चेत् गुणनिषेधः भवति, अतः लेखनं न भवति. अपि आर्धधातुक टिन् ककारस्य इत्संज्ञा भूत्वा टिन् स्थीयते. तिन् तत्तु तकार वल् प्रत्याहारे अस्ति.
अत्र नकारस्य संज्ञा अपि भवति खलु?
आम् आम्, नकारस्य अपि ति स्थीयते.
अवशिष्टप्रत्ययस्य रूपं किम् अस्ति?
ति,
ति अस्ति. लिखियोगः ति. एषा प्रक्रिया आर्धधातुकप्रक्रिया. किमर्थं चेत् तिन् प्रत्ययः आर्धधातुकप्रत्ययः, अतः प्रक्रिया आर्धधातुकप्रक्रिया, अतः इडागमचिन्तनं करोतु.
ति अस्ति, अत्र तकारः आदौ अस्ति, अतः तकारः आर्धधातुकस्य आदेः तत्र वल् प्रत्याहारे अस्ति, अतः इडनुकूलः अस्ति. परन्तु तत् कृत् प्रत्ययः अस्ति, अपि तत् नेड् वशीकृति सूत्रम् अपि अपि च परिशीलयामः. तत् तकार अवशादी अस्ति, अवशादी अस्ति चेत् इडनुकूलः भवति. अतः लिख्
इतोपि किञ्चित् चिन्तनमस्ति. तकारः वलादिः, तकारः वशादिः नास्ति, अतः प्रत्ययः सेट् भवति स्म. किन्तु अत्र इतोपि चिन्तनमस्ति, अत्र विशेषः अस्ति. नीलं भगिनी वदतु.
अत्र एकम् अन्यत् इड्निषेधसूत्रम् आयाति. ति तु त्र त थ सिसु सरकसेषु च एतेषां प्रत्ययेषु कृत्सु इत्युक्ते कृत्सु ति इति अवशिष्टभागः अस्ति चेत् तत्र इडागमः न भवति. अत्रापि तिन् इति प्रत्ययः ति इति अवशिष्टभागः, अतः ति तु त्र ति इति आदौ अस्ति, ति इति तत्र दत्तम् अस्ति, ति इति भागः अस्ति, अतः अत्र इडागमः न भवति. इड् निषेधमस्ति.
उत्तमं. तिन् इति प्रत्यये अनुबन्धलोपानन्तरं तकारः आदिमवर्णः अस्ति, तकारः वलादिः अवशादिः, अतः सेट् भवति स्म. किन्तु इतोपि चिन्तनमस्ति. ति तु त्राता थ सिसु सरकसेषु च इति एकं सूत्रमस्ति. तस्मिन् सूत्रे केचन कृत् प्रत्ययाः प्रोक्ताः. ति तु त्राता थ सिसु सर कसेषु इति सप्तमी बहुवचनरूपं खलु, तस्मिन् सूत्रे दस्य कृत् प्रत्ययाः उक्ताः. इत्युक्ते कृत् प्रत्ययस्य आदिमवर्णः एतेषु अन्यतमवर्णः अस्ति चेत् तदा सः प्रत्ययः अनिट् भवति. पूर्वं किमुक्तं? तकारः वलादिः वशादिः नास्ति इति कारणतः इडनुकूलः इति उक्तमस्ति, किन्तु तस्य अपवादः एषः. क्तिन् इति प्रत्यये अवशिष्टभागः ति अस्ति. अस्मिन् सूत्रे आदिमवर्णः ति अस्ति. ति इति कथनेन क्तिन् प्रत्ययः क्तिच् इति एकः अन्यप्रत्ययः अस्ति. इत्युक्ते ति इति कथनेन क्तिन् प्रत्ययः क्तिच् प्रत्ययः द्वयमपि स्वीकर्तव्यम्. यद्यपि येषां दशानां कृत् प्रत्ययानाम् आदिमवर्णः वलादिः अवशादिः च, तथापि इडागमः न भवति. तादृशप्रत्ययस्य इडागमः न भवति. अनेन विशिष्टसूत्रेण क्तिन् प्रत्ययः अनिट् भवति. अतः अत्र इडनुकूलता नास्ति. धातुः इडनुकूलः अस्ति चेदपि क्तिन् प्रत्यये इडनुकूलता नास्ति इति कारणतः अत्र इडागमः न भवति. अत्र स्थितिः का? लिख् योगः ति. तावदेव. नरेश् महोदय इदानीं वदतु, लिख् योगः ति.
लिख् योग ति लिखति. अत्र तत्र गुणः अपि निषेधः अस्ति. तिन् कित् अस्ति, लेखनं न भवति, लिखति अस्ति.
अत्र इतोपि चिन्तनमस्ति. वदतु.
सूत्रम् अत्र आगच्छति इति कारणतः खकारस्य स्थाने ककारः आदेशरूपेण आगच्छति. लिक् योगे इत् योगे लिक्ति इति भवति. खकारः द्वितीय दट् इस् खर् वर्ण खकारः निर्गच्छति, एवं ककारः एव आगच्छति. लिक्ति इति एव अन्तिमं रूपं सिद्ध्यते.
साधु. रूपं तु लिखति. लिख् योगः ति. लिख् योगः ति इति स्थितिः अस्ति. अत्र सन्धिकार्यं भवति, हल् सन्धिकार्यं भवति. लिख् इत्यत्र महाप्राणखकारः अस्ति. लिख् इत्यत्र महाप्राणखकारः अस्ति. किन्तु परवर्णः कः? तकारः. तकारः कीदृशवर्णः? खर्वर्णः. खर् प्रत्याहारस्थवर्णः तकारः. खर् प्रत्याहारस्थवर्णः अस्ति. इत्युक्ते खर् प्रत्याहारे के के वर्णाः सन्ति? वर्गद्वितीयाः, वर्गप्रथमाः, ऊष्माणाः च सन्ति. खर् प्रत्याहारस्थवर्णः अत्र तकारः. लिख् योगः तकारः अस्ति. इत्युक्ते खरि परे चरादेशः भवति. चर्वर्णः इत्युक्ते वर्गप्रथमः आदिष्टः भवति. इति कारणतः महाप्राणखकारस्य स्थाने अल्पप्राणखकारः आयाति. तेन लिक्ति इति रूपम्, इत्युक्ते लिख् धातोः क्तिन् प्रत्ययान्तरूपं लिक्ति. तत्र खरिच इति सूत्रेण हल्सन्धिकार्यं भवति. खरिचसूत्रस्य प्रसङ्गे किं ज्ञातव्यं? झल् वर्णस्य स्थाने झर्वर्णादेशः भवति खरीपरे. तदर्थमेव सूत्रं किमस्ति? खरिच. खरि इति सप्तम्यन्तं. खरीपरे चरादेशः भवति झल् वर्णस्य स्थाने. अत्र झल् वर्णः कः? खकारः झल् वर्णः. झल् वर्णाः के इति प्रश्ने सति, झल् इति प्रत्याहारे वर्गस्य अनुनासिकव्यञ्जनानि त्यक्त्वा सर्वाणि व्यञ्जनानि, इत्युक्ते वर्गप्रथमाः, वर्गद्वितीयाः, वर्गतृतीयाः, वर्गचतुर्थाः, वर्गस्य अन्तिम अनुनासिकव्यञ्जनं त्यक्त्वा सर्वाणि व्यञ्जनानि झल् प्रत्याहारे सन्ति. खरीपरे चरादेशः भवति. पश्यन्तु, महेश्वराणि सूत्राणि सन्ति चेत् चर् इति कथनेन चर् प्रत्याहारे वर्गप्रथमसदस्याः सन्ति. कचट तप एते वर्णाः, अपि च सशस एते वर्णाः चर् प्रत्याहारे सन्ति. चर् प्रत्याहारे वर्गस्य प्रथमसदस्याः सन्ति. लिख् इत्यत्र महाप्राणखकारस्य स्थाने अल्पप्राणखकारः इत्युक्ते वर्गप्रथमसदस्यः आगतः. अतः लिख्ति इति रूपं निर्मितम्. अत्र इडागमः नास्ति, किन्तु सन्धिकार्यं भवति. मम कृते तु परिचितं नास्ति लिक्ति इति रूपम्, अहं न दृष्टवती. केवलं वर्गस्य कृते पठितवती.
मन्धातोः मतिः इति भवति तत्र, परन्तु लिक् यदा भवती उक्तवती लिक् इति धातोः प्रसङ्गे न श्रुतवती कदापि, परन्तु मतिः इति भवति तत्र. मतिः
तिनन्तरूपाणि बहूनि रूपाणि वयं जानीमः, कृतिः, चितिः, मतिः, स्तुतिः, इमानि रूपाणि वयं जानीमः, किन्तु लिक्ति इति रूपम् अहं न दृष्टवती. नूतनं खलु. अन्तिमं रूपं भवती एव साधयतु, ल्युडन्तं.
ल्युट् लिक् योगः ल्युट्, ल्युट् इति पुनः किञ्चित् भिन्न अस्ति, अतः आर्धधातुकं शेषः इत्यनेन तस्य आर्धधातुकसंज्ञा. ल्युट् इत्यस्मात् टकारस्य संज्ञा ल्युट्,
लकारस्य इत्संज्ञा.
हा, लकारस्य अपि च टकारस्य इत्संज्ञा. लकारस्य लशक्वतद्धिते इत्यनेन, टकारस्य हलन्त्यम् इत्यनेन, तयोः लोपः तस्य लोपः इत्यनेन, अतः य इति अवशिष्यते. य इति
यु अवशिष्यते,
यु अवशिष्यते. तत्र उकारस्य अपि इत्संज्ञा भवति.
उकारस्य इत्संज्ञा भवति वा, केवलं लकारटकारयोः इत्संज्ञा एव भवति. यु इति कथनेन यकारः यकारोत्तरवर्ति, उकारः तत्र अवशिष्यते. यु स्थाने युवोरनाकौ,
वदतु. युवोरनाकौ, क्षम्यता, युवोरनाकौ. ल्युट् इत्यस्मात् लकारस्य टकारस्य संज्ञा लोपः भवति. यु इति अवशिष्यते. युवोरनाकौ इत्यनेन यु इत्यस्य स्थाने अन इति आदेशः भवति. अन इति अजादि आदेशः, अजादि कृत्प्रत्ययः अपि च आर्थधातुकप्रत्ययः. वलादिप्रत्ययः नास्ति, किमर्थं चेत् अजादिः अस्ति, अतः तत्र इडागमस्य प्रसङ्गः नास्ति. अन इति भवति. लिक् योगः अन, अत्र अन इति कृत् अस्ति, आर्धधातुक अस्ति, परन्तु यत् तिणित् अपि च कित् ङित् भिन्न भिन्न अस्ति, अतः पुगन्तलघुपदस्य च इत्यनेन लघु उपधायाः, लघु इगन्त उपधायाः गुणः भवति, लेख भवति. लेख योगः अन, लेखन इति भवति. लेखन इति नित्यं नपुंसकलिङ्गीपदम् अस्ति इति मन्ये. तावदेव लेखनं भवति.
बहु सम्यक्. ल्युच्च इति एकं सूत्रमस्ति. ल्युच्च इति सूत्रेण ल्युडन्तपदानि नपुंसकलिङ्गपदानि भवन्ति. ल्युट्यसूत्रेण सर्वेभ्यः धातुभ्यः ल्युट् प्रत्ययः विहितः भवति. ल्युडन्तानि नपुंसकलिङ्गपदानि भवन्ति. लिख् धातुतः लेखन इति प्रातिपदिकं प्रथमाविभक्ति एकवचनरूपं लेखनं. तावदेव. सर्वाणि रूपाणि सम्यक्तया साधितवन्तः. अग्रिमे सप्ताहे क्नितिचसूत्रस्य प्रसङ्गे किञ्चित् ज्ञात्वा अग्रे सरितुं शक्ष्यामः. इदानीम् अत्र स्थगयाम. सर्वेषां धन्यवादाः.
धन्यवादः.
दीपावलिप्रपर्वणः शुभाशयाः सर्वेषां कृते. धन्यवादः भगिनि.
धन्यवादाः.